ॐ सहनावतु सहनौ भुनक्तु सहवीर्यङ्करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिश्शान्तिश्शान्तिः
अधुना विष्णुसूक्तं पश्यामः सूक्तस्य संख्या पुनः एतदपि प्रथममण्डले एव अस्ति ऋग्वेदस्य प्रथममण्डले सूक्तसंख्या वन् फैव् फोर् चतुःपञ्चाशदधिकशतम् अध्यायः एकविंशतिः इति अस्ति विष्णुसूक्तमिदं विष्णोर्नुकम् इति षडृचं पञ्चदशं सूक्तं दैर्घतमसं त्रैष्टुभं वैष्णवम् इत्यस्ति अस्य सूक्तस्य विवरणम् एतत् सूक्तं षडृचं षड् ऋचः सन्ति षट्सङ्ख्याकाः ऋचः षण्मन्त्राः सन्ति अत्र पञ्चदशं सूक्तं नाम अस्मिन् एकविंशतितमे अध्याये पञ्चदशं सूक्तं मण्डलदृष्ट्या चतुःपञ्चाशदधिकशततमं सूक्तम् अस्य मण्डलादारभ्य आरम्भतः इति गणनां पश्यामः 154 सूक्तसङ्ख्या परन्तु एकविंशति अध्यायः यः अस्ति एकविंशतितमः अध्यायः तत्र इदं पञ्चदशं सूक्तं भवति षडृचं पञ्चदशं सूक्तं दैर्घतमसम् इत्यस्ति दीर्घतमाः इति ऋषिः ऋषेः नाम दीर्घतमाः अनन्तरं त्रैष्टुभम् अस्मिन् सूक्ते त्रिष्टुप्छन्दः किं छन्दः त्रिष्टुप्छन्दः अग्निसूक्ते वयं गायत्रं छन्दः इति दृष्टवन्तः गायत्री अत्र तु त्रैष्टुभं छन्दः इति वैष्णवं नाम विष्णुदेवताकं विष्णुः एव अत्र देवता इति एकेन वाक्येन सर्वमपि दत्तं षडृचं पञ्चदशं सूक्तं दैर्घतमसं त्रैष्टुभं वैष्णवम् इति सामान्यतः किं कुर्वन्ति इति चेत् एतेन सह सूक्तस्य कुत्र विनियोगः कस्मिन् यागे वा कुत्र इति वा तदपि वदन्ति तदपि अस्ति अत्र परन्तु प्रायः नापेक्षितं भवति इदानीम् अन्यद् इदानीं विज्ञेयं भवति विष्णुः नाम कः इति कश्चित् प्रश्नः भवति वैदिकः विष्णुः अस्ति इदानीम् अस्माभिः मन्दिरेषु स्तूयमानः पूज्यमानः विष्णुः अस्ति एवं द्विधा अस्ति वेददृष्ट्या देवतानां त्रयः विभागाः भवन्ति भूलोकदेवताः अन्तरिक्षलोकदेवताः द्युलोकदेवताः इत्येवं त्रिप्रकारकाः देवताः भवन्ति अग्निः भूलोकदेवता प्रधानः अनन्तरम् अन्तरिक्षलोके तावत् वायुः प्रधानः अनन्तरं द्युलोके कः इति चेत् आदित्यः आदित्यः एव तत्र प्रधानः सो भूलोके अग्निः अन्तरिक्षलोके वायुः द्युलोके तावत् आदित्यः विष्णुः आदित्येषु अन्यतमः आदित्यगणे प्रविष्टः द्वादशादित्याः इति वदन्ति किल अतः वेददृष्ट्या विष्णुः द्वादशादित्यगणे भवति शिवः कुत्र भवति वायुः भवति वायुगणे अन्तर्भवति रुद्रः एव शिवः तत्र सः अत्र अन्तरिक्षलोके भवति सः विष्णुः तु द्युलोके भवति अनन्तरं तत्र भूलोके अग्निः सोमः इत्यन्याः देवताः भवन्ति
विष्णुः एव आदित्यावः अथवा विष्णुः आदित्यगणे एकः अन्य एकः देवता
किम् अस्ति इति चेत् सूर्यः एव तत्र विष्णुः एव सूर्यः। तत्र सूर्यस्य नानाविधमुखानि भवन्ति। पूषा इति एकं नाम भवति, आदित्यः इति एकं नाम भवति, सूर्यः इति एकं नाम भवति, विष्णुः इति नाम भवति। तस्यैव सूर्यस्य नानाविधमुखानि एव द्वादशनामानि इति। परन्तु पूज्यः स एव, सविता इत्येव। इदानीम् उदाहरणार्थं पूषा इति चेत् यः पोषणं ददाति, एव सूर्यः पोषणं करोति, स एव पूषा इति देवत्वेन पूज्यते। सः पशूनां रक्षकः इत्यादिरूपेण तत्र वेदे तस्य स्तुतिः भवति। अनन्तरं सविता इति यदा स्तूयते, सः प्रेरकः इति सूच्यते, सः अस्मान् प्रेरयति, अस्माकं बुद्धिं प्रेरयति, स एव सूर्यः, स एव तत्र उपास्य। विष्णुः स एव सूर्यः व्यापकः, विशिलव्याप्तौ इति धातुः, यः व्याप्नोति। पुनः पुनः अस्मिन् सूक्ते अपि भवन्तः पश्यन्ति सर्वव्यापकः यः, नाम सूर्यस्य प्रकाशः सर्वत्र व्याप्नोति किल, भूलोकं भुवर्लोकं स्वर्लोकं सर्वानपि लोकान् व्याप्नोति। अतः व्यापनशीलः विष्णुः सूर्यप्रकाशः, सूर्यरश्मिः इति प्राचीनकल्पना, वैदिकीकल्पना। अनन्तरं क्रमेण तस्य विभिन्नरूपेण तस्य कल्पनाः विभिन्नरूपेण परिवर्तिताः। शिवः कैलासे वसति, विष्णुः वैकुण्ठे वसति इत्येवम् अग्रे काले गते सति तादृश्यः कल्पनाः वर्धिताः, तदनुगुणं श्रद्धा, तदनुगुणम् अनुष्ठानम् इत्यादि सर्वं वर्धितम्। अतः ऋग्वेदीयविष्णुः नाम कः? पुराणागमादिषु विद्यमानः विष्णुः कः इत्येवं तत्र अस्माभिः विभज्य ज्ञातव्यं भवति। परन्तु वेदे यदुक्तमस्ति, एकं सद्विप्राः बहुधा वदन्ति, एकमेव तत्त्वं सर्वत्र विद्यमानं भगवत्तत्त्वम् एकमेव, तन्नानारूपेण वैदिकऋषयः दृष्टवन्तः, ते नामानि अपि दत्तवन्तः।
एतदेव विष्णुः, तत् शुक्लाम्बरधरं विष्णुः शशिवर्णः।
वस्तुतः तस्मिन् श्लोके विष्णुः उच्यते वा गणेशः वा इत्येव सन्देहः अस्ति। तदा जनाः तत् तथैव विष्णुः इति पदमस्ति इति तत्र नाम प्रयुक्तम् इति कारणेन विष्णोः सूचकं भवितुमर्हति इति जनाः स्वीकुर्वन्ति। परन्तु सामान्यतश्लोकम् उक्त्वा गणेशमेव स्मरामः। न, एतदपि सूचयति यत् सर्वदेवताः समानाः एव इति एव। अतः विष्णोः परिकल्पनाम् अहं दत्तवान्, वैदिकविष्णोः परिकल्पना इयम्। प्रथमं सूक्तं वयं पश्यामः, प्रथमं मन्त्रं वयं पश्यामः। विष्णोर्नुकं वीर्याणि प्रवोचं, यः पार्थिवानि विममे रजागुंसि, यो अस्कभाजदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः इति। एषः मन्त्रः बहु प्रसिद्धः अस्ति, एवम् एतस्मिन्नपि यजुर्वेदेपि एषः मन्त्रः उपलभ्यते। हे नराः, प्रथमं भाष्यं वाचयामि, अनन्तरम् अर्थं विवृणोमि। एकवारं तत्र भाष्यस्य श्रवणं भवतु, अनन्तरम् अर्थं विवृणोमि। अग्निसूक्तस्य छन्दः किञ्चित् लघु, अतः कानिचनैव पदानि, अत्र पदानि अधिकानि। हे नराः, विष्णोः व्यापनशीलस्य देवस्य वीर्याणि वीरकर्माणि नुकम् अतिशीघ्रं प्रवोचं प्रब्रवीमि। यः विष्णुः पार्थिवादीनि पृथिवीसम्बद्धानि रजांसि रञ्जनात्मकानि क्षित्यादिलोकत्रयाभिमानीनि अग्निवायुवादित्यरूपाणि रजांसि विममे विशेषेण निर्ममे। किञ्च यः विष्णुः उत्तरम् उद्गततरम् अतिविस्तीर्णं सधस्थं सहस्थानं लोकत्रयाश्रयभूतम् अन्तरिक्षम् अस्कभायत् किं कुर्वन् त्रेधा विचक्रमाणः त्रिप्रकारकं त्रिप्रकारं स्वसृष्टान् लोकान् विविधं क्रममाणः। अत एव उरुगायः उरुभिः महद्भिः गीयमानः अतिप्रभूतं गीयमानो वा। एतत् भाष्यं, भाष्यं दीर्घमस्ति, पुनः तत्र व्याकरणांशाः अपि विमृष्टाः सन्ति। केवलं मन्त्रस्थपदानां यद्विवरणमस्ति तदेव अहं वदामि। विष्णोः इदानीं दीर्घतमाः ऋषिः वदति, हे मनुष्याः, हे नराः विष्णोः तानि पदानि अहं यदा उच्चारयामि मन्त्रस्थपदानि भवन्तः अवलोकयन्तु. विष्णोः इति पदमस्ति किल प्रथमं पदं. विष्णोः शब्दस्य कः अर्थः? व्यापनशीलस्य देवस्य. यः देवः व्यापनशीलः तस्य इति. तस्य वीर्याणि, वीर्याणि वीरकर्माणि द्वितीयं पदं वीर्याणि अन्वयं कृत्वा एव तत्र भाष्ये अन्वयः अत्र कृतः अस्ति भाष्ये. वीर्याणि वीरकर्माणि, विष्णोः वीरकर्माणि. नुकम् इति पदमस्ति. नुकम् इत्यस्य कः अर्थः? अतिशीघ्रम्, अतिशीघ्रं प्रवोचं, प्रब्रवीमि, कथयामि इति. विष्णोः वीर्याणि नुकं प्रवोचं. व्यापनशीलस्य देवस्य श्रेष्ठानि वीरयुक्तकर्माणि अतिशीघ्रं प्रब्रवीमि इति कथयति. विष्णोर्नुकं वीर्याणि प्रवोचं. प्रथमः भागः समाप्तः. अग्रे किमस्ति? यः पार्थिवानि विममे रजांसि, रजांसि. यः, यः यच्छब्देन विष्णुः. यः विष्णुः पार्थिवानि पृथिवीसम्बद्धानि, पृथिवीसम्बद्धानि इति. रजांसि, रजांसि इत्यस्य कः अर्थः? रञ्जनात्मकानि क्षित्यादिलोकत्रयाभिमानीनि अग्निवायुवादित्यरूपाणि इति. किं विममे विशेषेण निर्ममे, निर्मितवान्. विष्णोः वीर्याणि कथयामि इत्युक्तं. कः सः विष्णुः? यः विष्णुः पृथिवीसम्बद्धानि अग्निवायुवादित्यरूपाणि निर्ममे. अस्य कः अर्थः इति चेत्, अत्र पार्थिवानि रजांसि इत्यस्ति किल, तस्य बहुधा विवरणमस्ति, नानाप्रकारेण विवरणमस्ति अत्र. एकं विवरणं किमस्ति इति चेत्, पृथिवीशब्देन सर्वे लोकाः गृह्यन्ते, भूः, भुवः, महः इति. एवं त्रयः लोकाः अपि स्वीक्रियन्ते. रजांसि इति शब्देन किं स्वीक्रियते इति चेत्, तेषां लोकानां रञ्जनं, तेषां लोकानां रञ्जनं नाम प्रीत्युत्पादनं, प्रीतिः, तेषां लोकानां प्रीतिः. तत्र लोके, तेषु पृथिवी, पृथिवीशब्देन निर्दिष्टेषु लोकेषु जनानां सुख उत्पादनं कैः क्रियते इति चेत्, अग्निः, वायुः, आदित्यः इत्येताभिः त्रिभिः अधिष्ठातृदेवताभिः क्रियते. अतः सः विष्णुः पार्थिवानि रजांसि त्रिषु लोकेषु विद्यमान अधिदेवतानां विममे निर्माणं कृतवान्. सः विष्णुः एव त्रिषु लोकेषु विद्यमान अग्निवायु आदित्यरूपाणाम् अभिमानिदेवतानां विशेषेण निर्माणं कृतवान् इति. अतः पार्थिवशब्दस्य सर्वे लोकाः, रजांसि शब्दस्य लोकेषु विद्यमान अधिष्ठातृदेवताः, येषामेव निर्माणं एषः विष्णुः कृतवान्. किमर्थं? यतोहि सः विष्णुः व्यापनशीलः. तस्य स्थानं केवलं द्युलोके केवलं नास्ति, सः सर्वत्र अपि अस्ति. वेदस्य इदमपि वैशिष्ट्यं द्रष्टव्यं. यत्र यस्मिन् सूक्ते या देवता स्तूयते, सा देवता अतिप्रबला इति स्तूयते. कुत्रचित् इन्द्रस्य स्तुतिः भवति चेत् त्रयाणामपि लोकानां सः एव श्रेष्ठः. विष्णोः स्तूयते चेत् सः एव श्रेष्ठः इत्यपि. अत्र तां पद्धतिं वयं द्रष्टुं, रीतिं वयं द्रष्टुं शक्नुमः. पार्थिवानि रजांसि इत्यस्य एतदेकं विवरणं. पुनः पार्थिवानि रजांसि इत्यस्य अन्येपि अर्थाः सन्ति. पार्थिवानि पृथिवीसम्बद्धानि रजांसि पृथिव्याः अधस्तनसप्तलोकाः इति एकं विवरणमस्ति. पृथिवीतः अधः विद्यमान अतलवितलसुतल तलातल रसातल पाताल शब्दाः लोकाः ये भवन्ति, ते पार्थिवशब्देन उच्यन्ते. पार्थिवरजांसि इति चेत् पृथिव्याः अधस्तन सप्तलोकाः इति रजांसि शब्दस्य लोक लोकः इत्यर्थः लो लोका रजांसि उच्यन्ते इति यास्केन उक्तमस्ति लो रजशब्दस्यैव लोकः इत्यर्थः कः लोकः पार्थिवलोकः पार्थिवानि रजांसि पार्थिवलोकः इति चेत् पृथिव्याः अधः विद्यमानाः लोकाः इत्यर्थः तादृशान् लोकान् सः निर्मितवान् अतः पार्थिवानि रजांसि इत्यस्य अर्थद्वयं दृष्टवन्तः त्रयः अभिमानिदेवताः अनन्तरं पृथिव्याः अधः विद्यमानसप्तलोकाः इत्यपि वयम् अर्थद्वयं दृष्टवन्तः अनन्तरम् अतः इदानीं प्रथमपादः समाप्तः विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि परीक्षायां द्वयमपि लेखनीयं कदाचित् अपेक्षितं भवति किल पार्थिवानि रजांसि इत्यस्य कः अर्थः द्विविधौ अपि अर्थौ सायणाचार्येण दत्तौ इति अस्माभिः लेखनीयं परीक्षादृष्ट्या
पार्थिव इत्युक्ते पृथिव्याः अधः विद्यमानः सप्तलोकः
पृथिव्या न पृथिवीम् परित्यज्य यतोहि पुण्यभाजः एव पृथिवीतः उपरि पृथिवीम् अन्तर्भाव्य ततः उपरितनलोकेषु जन्म प्राप्नुवन्ति अधः तु सर्वेपि पापभाजः एव तत्र प्रवेशं प्राप्नुवन्ति इति विभागः अग्रे उच्यते तत्र रञ्जनम् इति अर्थः न स्वीकरणीयम् इदानीं फस्ट् इण्टर्प्रिटेशन् सेकेण्ड् इण्टर्प्रिटेशन् फस्ट् इण्टर्प्रिटेशन् किम् अस्ति इति चेत् पार्थिवानि रजांसि इति चेत् पृथिव्या भूः भुवः सुवः इति एते पार्थिवाः रजांसि नाम रञ्जकाः नाम अभिमानिन्यः देवताः इति तत्र अर्थः स्वीकरणीयः इदानीं तत्र अतलवितलसुतल इति दृष्ट्या वयं यदा स्वीकुर्मः तत्र व्युत्पत्तिगम्यः अर्थः न स्वीकरणीयः तत्र यास्कस्य निरुक्तमस्ति निरुक्ते लोको रजांसि उच्य लोका रजांसि उच्यन्ते इति कुत्रचित् व्युत्पत्तिगम्यः अर्थः प्रथम इण्टर्प्रिटेशन् मध्ये व्युत्पत्तिगम्यः अर्थः द्वितीय इण्टर्प्रिटेशन् मध्ये किं स्वीकरणीयं यास्कोक्तकोशः स्वीकरणीयः सः यद् निर्वचनम् उक्तवान् तत् स्वीकरणीयम् अतः वयं जानीमः किल शब्दस्य योग अर्थः भवति रूढ्यर्थः भवति कोशतः अर्थः स्वीक्रियते एवं नाना अर्थं मनसि निधाय रचना अत्र कृता तस्य अर्थम् अत्र योजयामः चेत् कन्फ्यूशन् अतः सः पार्थिवानि रजांसि निर्ममे अनन्तरं यो अस्कभायदुत्तरं सधस्थं किल तृतीयपादः यः अस्कभायदुत्तरं सधस्थम् अस्य कः अर्थः यः सः केवलं पार्थिवानि रजांसि सृष्टवान् वा अन्यत् किं कृतवान् विष्णुः तस्य वीर्यं किं विष्णोः वीर्यं नाम सः लोकानां सृष्टिं कृतवान् तत्र विद्यमान अभिमानिदेवतानां सृष्टिं कृतवान् तद्विष्णोः एकं वीर्यं नाम वैशिष्ट्यं शक्तिः अन्यदपि अस्ति वा इति चेत् सः एव यः पुनः यः अस्ति किल यो अस्कभाय यः विष्णुः उत्तरम् इति पदमस्ति उद्गततरम् अतिविस्तीर्णम् इत्यर्थः उत्तरम् अतिविस्तीर्णम् उत्तरम् अतिविस्तीर्णम् सधस्थम् सधस्थम् इति शब्दस्य तद् मन्त्रे अस्ति सधस्थम् इति पदं यः उत्तरं सधस्थं सधस्थशब्दस्य लोकत्रय आश्रयभूतम् लोकत्रय आश्रयभूतम् सधस्थम् इति शब्दस्य सहस्थानम् इति अर्थः दत्तः नाम आश्रयरूपेण सः विद्यते इति किं तत् आश्रयस्थानं लोकत्रयस्यापि आश्रयस्थानं किम् अन्तरिक्षम् यः अस्कभायत् उत्तरं सधस्थम् अत्र यः उत्तरं सधस्थम् इति वयं त्रीणि पदानि दृष्टवन्तः यः विष्णुः उत्तरम् अतिविस्तीर्णं सधस्थम् अन्तरिक्षं लोकत्रयस्यापि आश्रयभूतम् अन्तरिक्षम् ईथर् इति उच्यते किल नाम अवकाशः अवकाशः नास्ति चेत् अवकाशे एव वस्तूनि भवन्ति एषा उत्पीठिका अस्ति इति चेत् तत्र अवकाशः भवेत् अवकाशे असति वस्तूनि न भवन्ति. अतः अतिविस्तीर्ण न केवलं वस्तूनि सृष्टवान्, यः वस्तूनाम् आधारभूतम् अवकाशमपि सृष्टवान् इति अर्थः अत्र. अन्तरिक्षम् अस्कभायत् तेषाम् आधारत्वेन स्तम्भितवान् निर्मितवान् इत्यर्थः. लोकान् सृष्टवान्, लोकानाम् आधारभूतम् अन्तरिक्षमपि सृष्टवान् इत्यर्थः. अनेन अन्तरिक्षाश्रितं लोकत्रयमपि सृष्टवान् इति उक्तं भवति इति एकः अर्थः. नः पार्थिवानि रजांसि इत्यस्य यथा अर्थद्वयम्, एवमेव उत्तरं सधस्थम् इत्यस्यापि अर्थद्वयं वक्तव्यं, नो चेत् कन्सिस्टेन्सि न भवति किल. तर्हि द्वितीयः अर्थः कः? किञ्च यश्च उत्तरम् उद्गततरम् उत्तरभाविनम्. अत्र उत्तरभाविनम् इत्यर्थः नाम उत्तर इति चेत् प्रायः अग्रिमकाले प्राप्यमाणं, जन्मान्तरे प्राप्यमाणम् इति अर्थः स्यात्. सधस्थम् इत्यस्य कः अर्थः? सहस्थानं पुण्यकृतां सहनिवासयोग्यम् इति. पुण्यकृतां सहनिवासयोग्यं कः अर्थः इति चेत्, अधः विद्यमाननरकादिलोकान् सृष्टवान्, अतलवितलादिलोकान् सृष्टवान्, अनन्तरम् उपरि सप्तलोकान् सृष्टवान् इति तात्पर्यम्. अधस्तनसप्तलोकान् सृष्टवान्, उपरितनसप्तलोकान् अपि सृष्टवान् इति तात्पर्यं. तत् कथम् उच्यते इति चेत् उत्तरं तत् अधस्तनलोकापेक्षया तत् उत्तरं नाम उत्तमजन्मनि प्राप्यमाणम् इत्यर्थः. तत् सधस्थम् इत्यपि उच्यते. सधस्थम् इति चेत् कः अर्थः? सः निवासः यत्र भवति तत् सधस्थम् इति उच्यते. सः न मिलित्वा, मिलित्वा निवासः यत्र भवति सहवासः इत्युच्यते किल. सहुडर्कर् सहवासः, तत्र कः सहवासः मिलति इति चेत् ये पुण्यं कृतवन्तः भवन्ति तैस्सह सहवासः भवति. तादृशं लोकसप्तकं सृष्टवान्, भूः भुवः सुवः महः जनः तपः सत्यम् इति. तान् सप्तलोकानपि सृष्टवान्, अस्कभायत् सृष्टवान् इत्यर्थः. अतः एवम् अन्यदपि व्याख्यानं तत्र उच्यते. तत्र अपुनरावृत्तेः इति नाम तेषु उत्तरलोकेषु यथा पुनः आवृत्तिः न भवति, पुनः भूलोके प्राप्य कष्टमनुभूय तादृश एतत् न भवति, तादृशान् उद्गततरान् लोकान् सृष्टवान् इत्यपि अर्थः अत्र उच्यते. एवं पादत्रयं समाप्तम्. विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि यो अस्कभायदुत्तरं सधस्थम्. अन्तिमपादः विचक्रमाणः त्रेधा उरुगायः इति अन्तिमानि त्रीणि पदानि अवशिष्टानि अस्मिन् सूक्ते. अस्य कः अर्थः इति चेत् तत्र सः पार्थिवानि रजांसि विममे, सः उत्तरं सधस्थं विममे, किं कुर्वन् विममे, सः किं कुर्वन् विममे. त्रेधा विचक्रमाणः, त्रेधा विचक्रमाणः विममे, त्रेधा विचक्रमाणः इति चेत् त्रेधा त्रिप्रकारकं, विचक्रमाणः स्वसृष्टान् लोकान् विविधं क्रममाणः इत्यस्ति. सः स्वेन सृष्टान् स्वेषु सृष्टेषु लोकेषु स्वयं सञ्चरन् सृष्टिं कृतवान् इति. त्रिप्रकारकं सः क्रमणं कृतवान्. इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् इति अस्माभिः एकः अन्यः मन्त्रः अपि श्रूयते, तदेव पुनः वामनावतारे किम् इति उच्यते, सः एकं लोकम् अत्र स्थापितवान्, एकं पादं भूम्यां स्थापितवान्, द्वितीयं तत्र आकाशे स्थापितं, कुत्र तृतीयं स्थापयामि इति चेत् बलिमहाराजस्य शिरसि इति. वस्तुतः तद् वेदतः अस्ति, सा परिकल्पना वेदाद् आगच्छति. एवम् इदानीं प्रह्लादस्य कथा वेदे अस्ति, प्रह्लादोह वैकाया भवः विरोचनगृहस्वं पुत्रमपन्यधत्त इति वेदे अस्ति. वेदे अन्य उत्थानपादः इत्यादि कथा तत्र अस्ति, तत् तस्य नानारूपेण पुनः परिवर्तनं कालान्तरे जातं. कस्मिन् सन्दर्भे कः देवः इत्यादि सर्वं किञ्चित् परिवर्तितं भवति कालान्तरे. एवं वामनावतारस्य एषा प्राचीनकथा, ततः एवम् आगतमस्ति. सः त्रिषु लोकेषु क्रममाणः सृष्टिं कृतवान् इत्यर्थः. सः एकत्र कुत्रापि उपविश्य सृष्टिं न कृतवान्, सः यत् सृष्टवान् तत्र अन्तर्यामिरूपेण व्याप्य सृष्टिं कृतवान् इत्यर्थः. त्रिप्रकारकम् इति किमर्थम् इति चेत् भूलोके, भुवर्लोके, सुवर्लोके, एवं त्रिषु लोकेषु अपि सः क्रममाणः सृष्टिं कृतवान् इत्यर्थः. नाम त्रिप्रकारकक्रमणमेव विष्णोः विष्णुत्वम्. विष्णुः व्यापनशीलः, किमर्थम् इति चेत् सः एकत्र न भवति, सर्वं व्याप्य तिष्ठति इति. अतः सः यत् सृजति तस्य अन्तर्यामी अपि भवति इति अस्मिन् त्रेधा विचक्रमाणः इति पदेन इदम् उक्तं भवति. अन्तिमम् एकं पदमस्ति उरुगायः इति, त्रेधा विचक्रमाणः उरुगायः. उरुगायः इति शब्दस्य कः अर्थः? उरुभिः महद्भिः गीयमानः, यः महद्भिः स्तूयमानः, ये श्रेष्ठाः ज्येष्ठाः भवन्ति तैः सः स्तूयते विष्णुः. सः नानालोकानां सृष्टिकर्ता, न केवलं सृष्टिकर्ता, तेषु लोकेषु अन्तर्व्यापितया वर्तते इति कारणेन सः उरुगायः जातः. सः
उरु इति ऋषिः
न, उरुशब्दस्य उरुभिः महद्भिः, महान्तः जनाः भवन्ति किल, श्रेष्ठाः जनाः, तैः गीयमानः, तैः सः स्तूयते. अतः उरुगायः अति. अथवा अन्यः अपि अर्थः उरु शब्दस्य अत्यधिकम् इत्यर्थः, अत्यधिकं गीयमानः. उरु 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 अतिप्रभूतं गीयमानः, बहु स्तुतिः वर्तते तस्य इति. पुनः पुनः तस्य विशेषेण स्तुतिः वर्तते. तादृशः उरुगायः विष्णुः पार्थिवानि रजांसि विममे उत्तरं सदस्थं विममे तादृशस्य विष्णोः वीर्याणि प्रब्रवीमि. मन्त्रस्य अर्थः एषः. द्वितीयः मन्त्रः, व्रतद्विष्णुस्तव ते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वाः इति मन्त्रः, द्वितीयः मन्त्रः. भाष्यं वाचयामि. प्रथमं, सः महानुभावः वीर्येण स्वकीयेन वीरकर्मणा पूर्वोक्तरूपेण स्तवते स्तूयते सर्वैः. वीर्येण स्तूयमानत्वे दृष्टान्तः मृगो न सिंहादिरिव, यथा स्वविरोधिनो मृगयिता सिंहः, भीमः भीतिजनकः, कुचरः कुत्सितहिंसादिकर्ता, दुर्गमप्रदेशगन्ता वा गिरिष्ठः, पर्वताद्युन्नतप्रदेशस्थायी सर्वैः स्तूयते. तद्वदयमपि किञ्च यस्य विष्णोः उरुषु विस्तीर्णेषु त्रिसङ्ख्याकेषु विक्रमणेषु पादप्रक्षेपेषु విశ్వా భూతాని విశ్వా సర్వాణి భువనాని భూతజాతాని అధిక్షయంతి అధిక్షియంతి ఆశ్రిత్య నివసంతి సహా విష్ణు స్తూయతే. అస్మిన్ మంత్రే పునః విష్ణు స్తూయతే ఇది ఏవ వాక్యం. ఏకైన వాక్యేన వక్తవ్యం చేత్ విష్ణు స్తూయతే. పూర్వోక్తః యః విష్ణుః పూర్వోక్తః యః విష్ణుః సహ అత్ర స్తూయతే పునః తస్యైవ గుణగానం అత్ర క్రియతే. వీర్యేణ ఇది ప్రథమం పదం. ప్రతద్విష్ణు స్తవతే వీర్యేణ ఇది అస్తి కిల ప్రథమపాదే. తత్ర వీర్యేణ ఇది వీర్యేణ స్వకీయేన వీరకర్మణ విష్ణోః వీర్యం స్వవీరకర్మ అస్తి కిల. తస్య కిం వీరకర్మ? లోకత్రయం సృష్టవాన్ త్రిషు లోకేషు అపి సః వ్యాప్తః అపి జాతః తదేవ తస్య వీరకర్మ. తాదృశేన వీర్యేణ సః మహానుభావః విష్ణుః యః అస్తి సః స్తవతే వీర్యేణ స్తవతే స్తూయతే సర్వైః సర్వే సర్వైః లోకైః సహ తస్య లోకసృష్టికర్తృత్వేన అంతర్యామిత్వేన చ సర్వైః స్తూయతే. విష్ణుః ఇత్యేవ సహ విష్ణుః స్తూయతే. తత్ర దృష్టాంతః కథం స్తూయతే సహ సహ విష్ణుః ప్రతత్ ఇది తత్ర ప్రతత్ ఇది ద్వయోః ప్రస్తూయతే ఇది కరణీయం. ప్రకర్షేణ స్తూయతే ఇది కరణీయం. తద్విష్ణుః ఇత్యస్య కః అర్థః? తచ్ఛబ్దః పూర్వోక్త పరామర్శకః. వీర్యేణ ఇది పదస్య అర్థః ఉక్తః. స్తవతే ఇతి అర్థః ఉక్తః. తద్విష్ణుః ఇత్యుక్తే సహ విష్ణుః ఇత్యర్థః. పూర్వోక్తః విష్ణుః పూర్వస్మిన్ మంత్రే పరామృష్టః యః విష్ణుః తద్విష్ణుః. ప్ర ఇత్యేతత్ స్తవతే ఇత్యస్య ఉపసర్గః. ప్రస్తవతే ప్రకర్షేణ విశేషేణ సహ జనైః సర్వైః అపి స్తూయతే. ఏవం ప్రథమః భాగః సమాప్తః. అగ్రే తత్ర దృష్టాంతః కథం జనాః తస్య స్తుతిం కుర్వంతి ఇతి చేత్ మృగోన భీమః కుచరో గిరిష్ఠాః ఇతి సహ స్తూయతే. తత్ర దృష్టాంతః ఏష మృగో న ఇతి. అత్ర విశేషః న శబ్దస్య ఇవ ఇతి అర్థః. మృగః ఇవ ఇతి. న శబ్దస్య సర్వదాపి నిషేధః అర్థః న. నయర్థాః షట్ ప్రకీర్తితాః ఇతి ఆగచ్చతి. తత్సాదృశ్యం అభావశ్చ తత్సాదృశ్యం అభావశ్చ తదన్యత్వం తదల్పత అప్రాశస్త్యం విరోధశ్చ నయర్థాః షట్ ప్రకీర్తితాః ఇది న ఇత్యస్యేవ నయ్ ఇది అస్తి కిల. తస్య షడర్థాః భవంతి. తత్ సాదృశ్యం ఇది ప్రథమః అర్థః ఏవ అత్ర అస్తి. మృగో న ఇది చేత్ మృగః మృగసదృశః ఇది వేదే ఏవ తత్ర అస్తి. ఏతదేవ స్టాండర్డ్ ఎగ్జాంపుల్. తత్సాదృశ్యం ఇత్యస్య నయః తత్సాదృశ్య అర్థసూచనార్థం సామాన్యతః ఏతదేవ ఉద్ధరంతి. మృగో న సహ మృగః ఇవ స్తూయతే ఇది. మృగః నామ సింహాదిః ఇవ ఇది. సింహాదిః ఇవ స్తూయతే వా కిం తత్ ఇతి చేత్ సింహః కిం కరోతి? స్వవిరోధినః మృగయిత. మమ విరోధి కుత్ర అస్తి ఇది అన్విష్య అన్విష్య గచ్చతి. తస్య భయమేవ నాస్తి ఇత్యర్థః. తావత్ తస్య వీర్యం అస్తి తావత్ శక్తిః అస్తి. అన్విష్య గత్వా యుద్ధం కరోతి సః. ఆగచ్చతి చేత్ యుద్ధం కరోమి అథవా పలాయనం కరోమి ఇతి న. సః ధైర్యేణ పాద ప్రక్షేపణం కృత్వా గచ్చతి. తాదృశః సః వీర్యవాన్ యథా మృగాదిః సింహాదిః తదివ ఏషః విష్ణుః ఇతి. అనంతరం కీదృశః ఏషః భీమః భీతిజనకః భయం జనయతి. కిం విష్ణుః భయం జనయతి? భాష్యే ఏతద్ నాస్తి తర్హి విష్ణుః భయం జనయతి వా ఇతి చేత తస్య నానావిధ ఉత్తరాణి భవితుమర్హంతి. ఏకం తావత్ తత్రైవ అధః అస్తి भीषास्मात् वातः पवते भीषोदेति सूर्यः भीषास्मात् अग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इति इति अग्निः वायुः मृत्युः एते सर्वेपि भयेन कार्यं कुर्वन्ति इति कस्य भयेन परमात्मनः भयेन स्वस्वकार्ये निरताः भवन्ति अतः एषः परमात्मा विष्णुः भीतिजनकः एव सर्वेषां भयं जनयति सर्वेषां देवानामेव मनसि भयमस्ति ओ मया मम कर्तव्यं करणीयं यतोहि परमात्मा मां पश्यन्नस्ति इति अतः भयम् अतः एषः भीतिजनकः अन्यत् ये दुष्टाः तेषां मनसि भीतिजनकः इति सामान्यः अर्थः अपि वक्तुं शक्यते दुष्टानामपि भीतिजनकः देवानामपि सः भीतिजनकः इति अतः भीमः कुचरः कुचरः इत्यस्य कः अर्थः कुत्सितहिंसादिकर्ता बहु भयङ्करहिंसामपि करोति सः यथा मृगः भीमः भवति केवलं दृष्ट्वा एव तस्य भयं न सः वस्तुतः हिंसामपि करोति इत्येव भयम् अय्यो सिंहः ताडयति प्रहरति मां मारयति इति कारणेनैव भयम् अतः सः केवलं किं भयस्य एकं प्रतीकं न वस्तुतः सः हिंसामपि करोति इत्युक्ते यदि स्वस्वकर्तव्ये न निरताः तर्हि तेषां दण्डनमपि ददाति सः इति एवमेव दुष्टानां सः शिक्षणं दशसु अवतारेषु कृतवानेव अथवा नवसु कृतवानेव अतः न करोति इति न तदपि करोति कुचरः सः अतः गिरिष्ठाः इति मृगो न भीमः कुचरः गिरिष्ठाः गिरिष्ठशब्दस्य कः अर्थः प्रा एतादृश सिंहः किं सुलभतया द्रष्टुं शक्यते वा जनाः सफारी इत्यादि कृत्वा बहु प्रयत्नेनैव गत्वा तं पश्यन्ति दुर्लभः सः भवति पर्वतादि उन्नतप्रदेशस्थायि सिंह स्वात्मानं न शीघ्रं प्रकटयति पर्वतादिषु उन्नतेषु प्रदेशेषु वर्तते दुर्लभप्रान्तेषु सः दुर्गमप्रान्तेषु सः वर्तते एवमेव सः द्युलोके अत्यन्तम् उच्चस्थाने सः वर्तते इत्यादि अर्थः अत्र स्वीकरणीयः नाम एतानि सर्वाण्यपि सिंहस्यापि अन्वेति सिंहः भीमः सिंहः कुचरः सिंहः गिरिष्ठः एवमेव एषः अपि मृगः भीमः कुचरः गिरिष्ठः एते चत्वारः अपि गुणाः इव विष्णोः सर्वमपि तत्र अन्वियन्ति अतः तद्वद् अयमपि अन्वेष्टा शत्रूणां भीमः भयजनकः सर्वेषां भीत्युत्पादकः शत्रुवधादिकुत्सितकर्मकर्ता कुचरः इत्यस्य अन्योपि अर्थः विष्णुदृष्ट्या अन्यः अर्थः उक्तः कुशु सर्वासु भूमिषु लोकत्रये सञ्चारी इत्यपि अर्थः उक्तः अस्ति कुचरः इत्यस्य विष्णुदृष्ट्या सर्वासु भूमिषु नाम लोकत्रये चरः सञ्चारी लोकत्रयसञ्चारी इत्यर्थः विष्णुदृष्ट्या उक्तः अस्ति गिरिष्ठः इत्यस्य उच्छ्रितलोकस्थायि नाम उन्नतलोकेषु सः द्युलोकवासी एव किल अतः गिरिष्ठाः इत्यस्य अन्योपि अर्थः विष्णुदृष्ट्या उच्यते गिरी मन्त्रादिरूपायां वाचि वर्तमानः तत्र गीः इत्यस्य मन्त्रः वाक् इत्यर्थः मन्त्ररूपः गिरिविद्यमानः इत्यपि अर्थः ईदृशः विष्णुः स्तवते पूर्वत्र उक्तं किल प्रतद्विष्णुस्तवते एतादृशः मृगः भीमः कुचरः गिरिष्ठाः विष्णुः प्रस्तवते तस्य एव स्तुतिः क्रियते न कश्चित् सः सामान्यः एतादृशः अनन्तरं पुनः अन्तिम एतदस्ति यस्योरुषु त्रिषु विक्रमणेषु यस्य विष्णोः उरुषु विस्तीर्णेषु यस्योरुषु त्रिषु त्रिसङ्ख्याकेषु एतत् पूर्वम् उक्तमेव सा तस्य विस्तीर्णपादक्रमः अस्ति भूलोकमपि व्याप्नोति भुवर्लोकमपि व्याप्नोति सुवर्लोकमपि व्याप्नोति सः पादप्रक्षेपेण नाम पादशब्दस्य स्वकिरणेन अथवा स्वस्य उपस्थित्या सः सर्वत्रापि सः सर्वानपि लोकान् त्रिषु त्रीनपि लोकान् व्याप्नोति किं तत्र विश्वाभुवनानि अधिक्षीयन्ति एतानि त्रीणि पदानि एव नूतनानि अत्र अधिक्षीयन्ति भुवनानि विश्व इति त्रीणि पदानि विश्वा शब्दस्य सर्वाणि इत्यर्थः सर्वाणि भुवनानि सर्वाणि भुवनानि अधिक्षीयन्ति आश्रित्य निवसन्ति सर्वेषां सः सर्वव्यापी इति कारणेन त्रिषु लोकेषु अपि सः व्याप्य वर्तते इति कारणेन सर्वेषां भुवनानां ये निवासिनः ते सर्वे अपि विष्णुमेव आश्रित्य जीवनं कुर्वन्ति तादृशः विष्णुः स्तूयते इति एषः द्वितीयः मन्त्रः स्पष्टमस्ति किल सर्वाणि पदानि अत्र उक्तानि अनन्तरं पूर्वतनमन्त्रद्वयं यजुर्वेदेपि दृश्यते अतः मम तस्य स्वरपरिचयः अस्ति अस्य मन्त्रस्य नास्ति स्वरपरिचयः अतः विना स्वरमहं कथयामि प्रविष्णवे शूषमेतु मन्म गिरीक्षित कुरुगायाय वृष्णे य इदं दीर्घं प्रयतं सधस्थम् एको विममे त्रिभिः इत् पदेभिः इति तदेव थीम् अनुवर्तते नाम सर्वव्यापी त्रीणि विक्रमणानि सः कृतवान् त्रिविधपादक्षेपं कृतवान् इत्यादि तस्यैव पुनः प्रकारान्तरेण कथनम् अत्र क्रियते अस्तु इदानीं किमस्ति भाष्यं किमस्ति विष्णवे सर्वव्यापकाय शूषम् अस्मत्कृत्यादिजन्यं बलं महत्त्वं मन्म एकवारं पठामि अनन्तरं विवृणोमि पदानि अवलोकयन्तु मन्म मननं स्तोत्रं मननीयम् एतु प्राप्नोतु विष्णुम् एतु प्राप्नोतु कीदृशाय गिरीक्षिते वाचि गिरिवत् उन्नतप्रदेशे वा तिष्ठते उरुगायाय बहुभिर्गीयमानाय वृष्णे वर्षित्रे कामानाम् एवं महानुभावं शूषं प्राप्नोतु कोऽस्य विशेषः इति उच्यते यः विष्णुः इदं प्रसिद्धं दृश्यमानं दीर्घम् अतिविस्तृतं प्रयतं नियतं सधस्थं सहस्थानं लोकत्रयम् एकः इत् एकः एव अद्वितीयः सन् त्रिभिः पदेभिः पादैः विममे विशेषेण निर्मितवान् श्रुताः एव विषयाः तदेव किमस्ति विष्णवे इति अस्ति विष्णवे सर्वव्यापकाय विष्णुशब्दस्य सर्वव्यापकत्वम् अर्थः इति दृष्टम् अस्माभिः शूषं शूषम् इति शब्दस्य बलम् इत्यर्थः एतं भागं स्वीकुर्मः प्रविष्णवे शूषमेतु मन्म तावत्पर्यन्तं प्रविष्णवे शूषमेतु मन्म सः भागः अस्माकं स्तुतिः विष्णुं प्राप्नोतु इति तात्पर्यं वयं यां स्तुतिं कुर्मः विष्णोः विषये सा स्तुतिः विष्णुं प्राप्नोतु इति तात्पर्यं विष्णवे सर्वव्यापकाय शूषम् अस्मत्कृत्यादिजन्यं बलम् अस्माकं कार्यं यदस्ति तज्जन्यं यद्बलं तद् महत्त्वम् अस्माकं किं तत् कार्यं यस्य बलं वयं विष्णुं प्रति दातुम् इच्छामः मन्म मन्म इत्युक्ते किं मननं स्तोत्रम् इत्यर्थः पूर्वतनेषु मन्त्रेषु वयं विष्णोः मन्म कृतवन्तः मन्म नाम स्तोत्रं कृतवन्तः सः लोकत्रयं सृष्टवान् लोकत्रयव्यापी इत्यादि वयं दृष्टवन्तः किल सः मृगः इव भीमः इत्यादि वयं स्तोत्रं कृतवन्तः तदेव मन्म अस्माकं मननं स्तोत्रं मननीयं ನಮ್ಮ ಪುನಃ ಪುನಃ ಚಿಂತನೀಯಂ ಇತ್ಯರ್ಥಃ. ತದ್ ಮನ್ಮ ತದೇವ ಅಸ್ಮಾಕಂ ಕೃತ್ಯಂ ತಜ್ಜನ್ಯಂ ಯದ್ ಬಲಂ ವಾಚಃ ಅಪಿ ಕಾಚಿತ್ ಶಕ್ತಿಃ ಅಸ್ತಿ ಅಸ್ಮಾಕಂ ವಾಗ್ಜನಿತಾ ಯಾ ಶಕ್ತಿಃ ಸ್ತುತಿರೂಪ ವಾಗ್ಜನಿತಾ ಯಾ ಶಕ್ತಿಃ ಸ ತತ್ ಸಾ ಶಕ್ತಿಃ ಏತು ಗಚ್ಚತು ಪ್ರ ಏತು ವಿಶೇಷೇಣ ಪ್ರಾಪ್ನೋತು ವಿಷ್ಣುಂ ಪ್ರಾಪ್ನೋತು ಇತಿ. ಯದಿ ಯಸ್ಯಾಹ ದೇವತಾಯಾಹ ಕೃತೆ ಸ್ತುತಿಃ ಕ್ರಿಯತೆ ಸಾ ಸ್ತುತಿಃ ತಾಂ ದೇವತಾಂ ಪ್ರಾಪ್ನೋತಿ ತದಾ ಏವ ಫಲಂ ಮಿಲತಿ. ಅತಃ ಅಸ್ಮಾಕಂ ಸ್ತುತಿಃ ಏವಮೇವ ಅತ್ರ ವಾಯೌ ನ ಗಚ್ಚತು ಅಪಿತು ತತ್ ಯಂ ಸ್ತುಮಃ ತಂ ಪ್ರಾಪ್ನೋತು. ಅಸ್ಮಾಕಂ ವಾಕ್ಶಕ್ತೇಃ ಯಃ ವ್ಯಾಪಾರಃ ಕೃತಃ ತತ್ ಸ್ವ ಉದ್ದೇಶ್ಯಂ ಪ್ರಾಪ್ನೋತು. ಪ್ರವಿಷ್ಣವೇ ಶೂಷಂ ಏತು ಮನ್ಮ ಏತಾವತ್ ಕೃತ. ವಿಷ್ಣವೇ ಇತಿ ಉಕ್ತಂ. ಸ ವಿಷ್ಣು ಕೀದೃಶಃ ತಸ್ಯ ವಿಶೇಷಣಂ ಅಗ್ರಿಮಪಾದೇ ಉಚ್ಯತೆ. ಗಿರೀಕ್ಷಿತೇ ಉರುಗಾಯಾಯ ವೃಷ್ಣೇ ಸರ್ವಮಪಿ ಚತುರ್ಥಿ ವಿಭಕ್ತಿ. ವಿಷ್ಣವೇ ಇತಿ ಚತುರ್ಥಿ ತಸ್ಯ ವಿಶೇಷಣರೂಪೇಣ ಇದಂ ಪದತ್ರಯಂ. ಗಿರೀಕ್ಷಿತೇ ನಮ ಗಿರೀಕ್ಷಿತೇ ವಿಷ್ಣವೇ ಅಸ್ಮಾಕಂ ಬಲಂ ಪ್ರಾಪ್ನೋತು ಇತ್ಯರ್ಥಃ. ಗಿರೀಕ್ಷಿತೇ ಗಿರೀಕ್ಷಿತ ಗಿರಿಷ್ಠ ಇತಿ ಯಹ ಅರ್ಥಃ ಉಕ್ತಃ ತಸ್ಯ ಪದಸ್ಯ ಸ ಏವ ಅರ್ಥಃ. ವಾ ಮಂತ್ರರೂಪೇ ವಾಚಿ ಯಹ ವರ್ತತೆ ಸಹ ಗಿರೀಕ್ಷಿತಃ ತಾದೃಶಾಯ ವಿಷ್ಣವೇ. ಅಥವಾ ಪರ್ವತವತ್ ಗಿರಿ ಗಿರಿಶಬ್ದಸ್ಯ ಪರ್ವತಃ ಇತ್ಯಪಿ ಅರ್ಥಃ. ಪರ್ವತವತ್ ಉತ್ತಮ ದ್ಯುಲೋಕೇ ವಿದ್ಯಮಾನಃ ಯಹ ಅಸ್ತಿ ವಿಷ್ಣುಃ ತಾದೃಶಾಯ ಇದಂ ಪ್ರಾಪ್ನೋತು ಗಿರೀಕ್ಷಿತೇ ಇತಿ. ಅನಂತರಂ ಉರುಗಾಯಾಯ ಅಪಿ ದೃಷ್ಟಂ ಕಿಲ. ಉರುಗಾಯ ಶಬ್ದಸ್ಯ ಅರ್ಥದ್ವಯಂ ಪೂರ್ವತ್ರ ಉಕ್ತಂ. ಮಹದ್ಭಿಃ ಮಹಾಂತಃ ಜನಾಃ ಯೇ ಸಾಧವಃ ಭವಂತಿ ತೈಃ ಸ್ತೂಯಮಾನಃ ಇತ್ಯೇಕಃ ಅರ್ಥಃ. ಯಸ್ಯ ಉರು ವಿಸ್ತೀರ್ಣಾ ಸ್ತುತಿಃ ಯಸ್ಯ ವಿಷಯ ಅತಿವಿಸ್ತರೇಣ ಸ್ತುತಿಃ ವರ್ತತೆ ತಾದೃಶಃ ವಿಷ್ಣುಃ ತಸ್ಮೈ ವಿಷ್ಣವೇ ಅಸ್ಮಾಕಂ ಸ್ತೋತ್ರಜನ್ಯಂ ಬಲಂ ಭವತು ಪ್ರಾಪ್ನೋತು ಇತಿ. ಅನಂತರಂ ವೃಷ್ಣೇ ಸಹ ವಿಷ್ಣುಃ ವೃಷ್ಣೇ ಇತಿ ಪದೇನಾಪಿ ವಿಶೇಷ್ಯತೆ. ವರ್ಷಿತ್ರೇ ಸಹ ವರ್ಷಣಂ ಕರೋತಿ ಇತಿ. ವೃಷ್ಟಿಃ ಯಥಾ ಜಲಂ ವರ್ಷತಿ ಏಷಃ ವಿಷ್ಣುಃ ವರ್ಷತಿ. ಕಿಂ ವರ್ಷತಿ ಅಸ್ಮಾಕಂ ಕಾಮನಾಂ ವರ್ಷತಿ. ವಯಂ ಯದ್ ಇಚ್ಛಾಮಃ ಪ್ರಾಪ್ತುಂ ತತ್ಸರ್ವಂ ಸಹ ವರ್ಷತಿ. ಅತಃ ಸಹ ವೃಷ್ಣೇ ಇತಿ ಪದೇನಾಪಿ ಉಚ್ಯತೆ. ವೃಷನ್ ಸಹ ವರ್ಷತಿ ಇತಿ ಕಾರಣೇನ ವೃಷನ್ ಇತಿ. ಅತಃ ವೃಷ್ಣೇ ಉರುಗಾಯಾಯ ಗಿರೀಕ್ಷಿತೇ ವಿಷ್ಣವೇ ಮನ್ಮ ಶೂಷಂ ಪ್ರ ಏತು ಅಸ್ಮಾಕಂ ಸ್ತುತಿಃ ಪ್ರಾಪ್ನೋತು. ಸ್ತುತಿಜನ್ಯಂ ಯದ್ ಬಲಂ ತದ್ ಈದೃಶಾಯ ವಿಷ್ಣವೇ ಭವತು ಇತಿ ಉಕ್ತಂ. ಇದಾನೀ ಅಗ್ರಿಮ ಪಾದಃ ಯ ಇದಂ ದೀರ್ಘಂ ಪ್ರಯತಂ ಸಧಸ್ಥಂ ಏಕಃ ವಿಮಮೇ ತ್ರಿಭಿಃ ಇತ್ ಪದೇಭಿಃ ಇತಿ. ಅತ್ರ ಕಿಮಸ್ತಿ ಕಃ ಅಸ್ತಿ ವಿಶೇಷಃ ಇತಿ ಉಚ್ಯತೆ. ಎತ್ ವಿಷ್ಣವೇ ಕಿಮರ್ಥಂ ಏಷಾ ಸ್ತುತಿಃ ಪ್ರಾಪ್ನುಯಾತ್ ಅಸ್ತಿ ವಿಷ್ಣೋಃ ಕಃ ವಿಶೇಷಃ ಇತಿ ಚೇತ್ ಯಃ ಇತಿ ಆರಂಭ ಅಸ್ತಿ ಕಿಲ ಯ ಇದಂ ಯಃ ವಿಷ್ಣುಃ ಇದಂ ಇದಂ ಶಬ್ದೇನ ಪ್ರಸಿದ್ಧಂ ದೃಶ್ಯಮಾನಂ ಸರ್ವದಾಪಿ ಇದಮಃ ಪ್ರತ್ಯಕ್ಷಗತಂ ಇತಿ ಉಚ್ಯತೆ. ಏಕೈಕಸ್ಯ ವಯಂ ಇದಂ ತತ್ ಏತತ್ ಅಸೌ ಇತ್ಯಾದಿ ಪದಾನಾಂ ಪ್ರಯೋಗಂ ಕುರ್ಮಃ. ಕದಾ ಕದಾ ಪ್ರಯೋಕ್ತವ್ಯಂ ಇತ್ಯಪಿ ಅಸ್ತಿ ನಿಯಮಃ. ಇದಮಃ ಪ್ರತ್ಯಕ್ಷಗತಂ ತದಿತಿ ಪರೋಕ್ಷೇ ವಿಜಾನೀಯಾತ್ ಇತ್ಯಾದಿ. ಪ್ರತ್ಯಕ್ಷ ಚ ತರವರ್ತಿ ಚ ಏತದೋ ರೂಪಂ ಇತಿ. ಯತ್ ಪ್ರತ್ಯಕ್ಷಂ ವಯಂ ಪಶ್ಯಾಮಃ ತಸ್ಯ ಇದಂ ಶಬ್ದೇನ ವ್ಯವಹಾರಃ. ಪ್ರತ್ಯಕ್ಷ ತರವರ್ತಿ ಚ ಏತದೋ ರೂಪಂ ಅತ್ಯಂತಂ ಸಮೀಪೇ ವಿದ್ಯಮಾನಸ್ಯ ಏತತ್ ಶಬ್ದ ಪ್ರಯೋಗಃ. ತದಿತಿ ಪರೋಕ್ಷೇ ವಿಜಾನೀಯಾತ್ ಯದ್ ಬಹು ಅಕ್ಷಣ ಪರಂ ತದಸ್ತಿ ಅದು ತಚ್ಛಬ್ದೇನ ವ್ಯವಹ್ರಿಯತೆ ಇತ್ಯೇವಂ ಅದಸಸ್ತು ವಿಪ್ರಕೃಷ್ಟಂ ಅದಸಸ್ತು ವಿಪ್ರಕೃಷ್ಣಂ ಅಸೌ ಅಸಾವಾದಿತ್ಯೋ ಬ್ರಹ್ಮ ಇತಿ ವಯಂ ವದಾಮಃ. ವಿಪ್ರಕೃಷ್ಣಂ ನಮ ದೂರೇ ಅಸ್ತಿ ಕಿಂತು ದೃಶ್ಯತೆ. ತದಿತಿ ಪರೋಕ್ಷೇ ಇತಿ ನಾಮ ಯತ್ ಅಕ್ಷಣಃ ಪರಂ ಯತ್ ಇಂದ್ರಿಯಗೋಚರಂ ನ ಸಹ ತತ್ರ ಅಸ್ತಿ ಕಿಲ ಇತಿ ಚೇತ್ ಕಃ ಅರ್ಥಃ ಇತಿ ಚೇತ್ ಯಃ ದೃಷ್ಟಿಗೋಚರಃ ನ ತತ್ರ ಕುತ್ರಾಪಿ ಅಸ್ತಿ ದೂರೇ ತಾದೃಶ ಅರ್ಥೇ. ಪರಂತು ಅಸೌ ಶಬ್ದಃ ಏವ ದೃಷ್ಟಿಗೋಚರಃ ಪರಂತು ದೂರೇ
ದೂರೇ ಅಸ್ತಿ
ತಥಾ. ಪರಂತು ತಚ್ಛಬ್ದಸ್ಯೈವ ಏಷು ದಿನೇಷು ಸಹ ಪ್ರಯೋಗಃ ದೃಶ್ಯತೆ. ದೂರೇ ವಿದ್ಯಮಾನಸ್ಯ ತತ್ ಸಮೀಪೇ ವಿದ್ಯಮಾನಸ್ಯ ಏತತ್ ಇತಿ ಪ್ರಯೋಗಃ. ಶಾಸ್ತ್ರದೃಷ್ಟ್ಯಾ ತು ಅಸೌ ಇತಿ ಶಬ್ದಃ ಏವ ಪ್ರಯೋಕ್ತವ್ಯಃ. ಅದು ವ್ಯವಹಾರೇ ತಥಾ ನ ಕುರ್ವಂತಿ ಯತೋ ಹಿ ಅದಶಬ್ದಸ್ಯ ರೂಪಾಣಿ ಕಿಂಚಿತ್ ಕ್ಲಿಷ್ಟಾನಿ ತಚ್ಛಬ್ದಾಪೇಕ್ಷೆಯ ಭವತಿ. ಅತಃ ಯಃ ವಿಷ್ಣುಃ ಇದಂ ದೃಶ್ಯಮಾನ ಕಿಮರ್ಥಂ ಎತಸ್ಯ ವಿವರಣಂ ಉಕ್ತವಾನ್ ಚೇತ್ ಭಾಷ್ಯೆ ಇದಂ ಶಬ್ದಸ್ಯ ದೃಶ್ಯಮಾನಂ ಇತಿ ಉಕ್ತಮಸ್ತಿ. ಕಿಮರ್ಥಂ ದೃಶ್ಯಮಾನಂ ಇತ್ಯುಕ್ತಂ ಪ್ರತ್ಯಕ್ಷಗತಂ ಇತಿ ನಿರ್ವಚನಮಸ್ತಿ ಕಿಲ ತದನುಗುಣಂ ಕೃತಮಸ್ತಿ. ಅತಏವ ಭಾಷ್ಯಂ ಅವಲೋಕನೆ ಶಾಸ್ತ್ರಾನುಸಾರಿ ಭವತಿ. ಸೊ ದಿಸ್ ಇತಿ ಟ್ರಾನ್ಸ್ಲೇಟ್ ಕುರ್ಮಃ ಚೇತ್ ಏತೆ ಅರ್ಥಾಃ ವಕ್ತುಮೇವ ನ ಶಕ್ಯಂತೆ ಕಿಲ. ಅತಃ ಇದಂ ಪ್ರಸಿದ್ಧಂ ದೃಶ್ಯಮಾನಂ ದೀರ್ಘಂ ಕಿಂ ತತ್ ದೃಶ್ಯಮಾನಂ ಇತಿ ಚೇತ್ ಇದಂ ಸೃಷ್ಟಂ ಜಗತೇವ. ಯತ್ ದೃಶ್ಯತೆ ತಸ್ಯ ವಿವರಣಂ ಅಗ್ರೆ ಆಗಚ್ಚತ್. ನಮ್ಮ ವಿಶೇಷಣಂ ಕೇವಲಂ ದತ್ತಂ, ತತ್ ವಿಶೇಷ್ಯಂ ಅಗ್ರೆ ಅಸ್ತಿ. ದೀರ್ಘಂ ಅತಿ ವಿಸ್ತೃತಂ ಇತ್ಯರ್ಥ. ಲಾಂಗ್ ಇತಿ ನ ವಾಸ್ಟ್ ಇತಿ ಅರ್ಥ. ದೀರ್ಘಂ ಇತಿ ಶಬ್ದಸ್ಯ ಅತಿ ವಿಸ್ತೃತಂ ದೃಶ್ಯಮಾನಂ ಅತಿ ವಿಸ್ತೃತಂ ಪ್ರಯತಂ. ಯ ಇದಂ ದೀರ್ಘಂ ಪ್ರಯತಂ ನಿಯತಂ. ನಿಯತಂ ನಾಮ ಶಾಶ್ವತಂ ಇತ್ಯರ್ಥ. ನಿಯತಂ ಇತಿ ಶಬ್ದಸ್ಯ ಕನ್ಸಿಸ್ಟೆಂಟ್ ಇತಿ ಅರ್ಥ ಭವತಿ. ಯತ್ ಸದಾ ಭವತಿ ಇತಿ. ಕಿಂ ತತ್ ನಿಯತಂ ದೀರ್ಘಂ ಇದಂ ಇತಿ ಚೇತ್ ಸಧಸ್ಥಂ. ಸಧಸ್ಥಂ ಇತ್ಯಸ್ಯ ಕಃ ಅರ್ಥಃ. ಪೂರ್ವತ್ರ ಪೂರ್ವಸ್ಮಿನ್ ಮಂತ್ರೇ ಸಧಸ್ಥಂ ಇತಿ ಪದಸ್ಯ ಉತ್ತರಂ ಸಧಸ್ಥಂ ಇತಿ ಉಕ್ತಂ. ಉಪರಿತನ ಸಪ್ತಲೋಕಃ ಅಥವಾ ಅಂತರಿಕ್ಷಲೋಕಃ ಇತಿ ಅರ್ಥಃ ಉಕ್ತಃ. ಅಸ್ಮಿನ್ ಮಂತ್ರೇ ಸಧಸ್ಥಂ ಇತಿ ಶಬ್ದಸ್ಯ ಲೋಕತ್ರಯಂ ಇತ್ಯರ್ಥಃ. ಅರ್ಥಃ ಪರಿವರ್ತಿತಃ ಕಿಲ ಮಂತ್ರಾನುಗುಣಂ ಅರ್ಥಃ ಅತ್ರ ಪರಿವರ್ತಿತಃ ಸಹ ವಿಜ್ಞೇಯಃ. ಸರ್ವತ್ರ ಸಧಸ್ಥಂ ಇತ್ಯಸ್ಯ ಕಃ ಅರ್ಥಃ ಸಹಸ್ಥಾನಂ ಇತ್ಯೇವ ಅರ್ಥಃ. ಸಹಸ್ಥಾನಂ ಇತಿ ಅರ್ಥಂ ಮನಸಿ ನಿಧಾಯ ನಾನಾ ಅರ್ಥಃ ತತ್ರ ಯೋಜ್ಯಂತೆ. ಕುತ್ರಚಿತ್ ಅಂತರಿಕ್ಷಲೋಕಃ ಇತಿ ಕ್ರಿಯತೆ. ನಮ ಆಕಾಶ ಆಧಾರಭೂತಃ ಇತಿ ಸಹ ವರ್ತತೆ. ಆಧೇಯೇನ ಸಹ ಆಧಾರಃ ಸಹ ವರ್ತತೆ ಇತಿ ಕಾರಣೇನ ಸಹಸ್ಥಾನಮಿತಿ ಏಕಃ ಅರ್ಥಃ. ಅನ್ಯತ್ರ ಸಪ್ತಲೋಕಾಃ ಇತಿ ಚೇತ್ ತತ್ರ ಸಹವಾಸಃ ಪುಣ್ಯಕರ್ಮ ಯೇ ಕೃತವಂತಃ ತೈಸ್ಸಹ ಸಹವಾಸಃ ಭವತಿ ಇತಿ. ಅತ್ರ ಸದಸ್ಥಂ ಇತಿ ಚೇತ್ ತ್ರಯಃ ಲೋಕಾಃ ಮಿಲಿತ್ವಾ ತಿಷ್ಠಂತಿ ಸಹ ಏವ ತಿಷ್ಠಂತಿ. ಏಕಾ ಸೃಷ್ಟಿಃ ಜಾತಾ ಚೇತ್ ಭೂಲೋಕಃ ಭೂರ್ಲೋಕಃ ಸುವರ್ಲೋಕ ಇತಿ ತ್ರಯಃ ಅಪಿ ಲೋಕಾಃ ಸಹ ಏವ ತಿಷ್ಠಂತಿ ಇತ್ಯೇವ. ಅತಃ ಸದಸ್ಥಂ ಇತಿ ಉಚ್ಯತೆ. ಸಹ ವಿಷ್ಣುಃ ಇದಂ ದೀರ್ಘಂ ಪ್ರಯತಂ ಸಧಸ್ಥಂ ಕಿಂ ಕೃತವಾನ್. ಏಕಃ ಏವ ಏಕಃ ಇತ್ ತ್ರಿಭಿಃ ಇತ್ ಇತಿ ಆಗಚ್ಛತಿ ಕಿಲ ತದ್ ಇತ್ ಏಕೇನ ಸಹ ಯೋಜನೀಯಂ. ಏಕಃ ಏವ ಸನ್ ತನಿಯಾಳ ಇಂಡಿವಿಜುವಲ್ ಯಸ್ ಆಸ್ ಅನ್ ಇಂಡಿವ್ ಆಸ್ ಅ ಸಿಂಗಲ್ ಪರ್ಸನ್. ಏಕಃ ಇತ್ ಏವ ಶಬ್ದಾರ್ಥಃ ಇತ್ ಇತ್ಯಸ್ಯ ಏವ ಇತ್ಯರ್ಥಃ. ಏಕಃ ಏವ ಅದ್ವಿತೀಯಃ ಸನ್ ತ್ರಿಭಿಃ ಪದೇಭಿಃ ತ್ರಿಭಿಃ ಪದೇಭಿಃ ವಯಂ ಜಾನೀಮಃ ಭೂ ಭುವಃ ಸುವಃ ಇತಿ ತ್ರಿಷು ಅಪಿ ಲೋಕೇಷು ಸಹ ವ್ಯಾಪನಂ ಕುರ್ವನ್ ವಿಮಮೇ ನಿರ್ಮಿತವಾನ್. ತದೇವ ವೈಶಿಷ್ಟ್ಯಂ ವಿಷ್ಣೋಃ. ತಾದೃಶ ವಿಷ್ಣುಃ ಯಃ ಅಸ್ತಿ ತಸ್ಮೈ ಅಸ್ಮಾಕಂ ಪ್ರಾರ್ಥನಾಯಾಃ ಮನನಂ ಯದಸ್ತಿ ಮನ್ಮ ತಸ್ಯ ಶೂಷಂ ಬಲಂ ಪ್ರಾಪ್ನೋತು ಇತಿ ತೃತೀಯಃ ಮಂತ್ರಃ. ಚತುರ್ಥ ಮಂತ್ರ यस्य त्रिपूर्णा मधुना पदान यक्षीयमाना स्वधया मदन्ति यौ त्रिधातु पृथ्वी मुत द्याम एको दाधार भुवनानि विश्वा इति सरलः एषः मन्त्रः
यु
त्रिधातु पृथिवीम् उत द्याम् एको दाधार भुवनानि विश्वा यस्य यस्य विष्णोः विष्णोः विषये एव किल उच्यते यस्य विष्णोः मधुना मधुरेण दिव्येन अमृतेन पूर्णा पूर्णानि त्रीणि पदानि पादप्रक्षेपणानि अक्षीयमाणाः अक्षीयमाणानि स्वधया अन्नेन मदन्ति मादयन्ति तदाश्रितजनान् अस्तु प्रथमः एषः भागः यस्य त्रिपूर्णा मधुना पदानि अक्षीयमाणा स्वधया मदन्ति यस्य विष्णोः मधुना अत्यन्तम् अमृतमयेन पूर्णा पूर्णानि त्रीणि पदानि त्रीणि पादप्रक्षेपणानि प्रायः आदित्यस्यैव विष्णोः एव किरणानि किं कुर्वन्ति त्रिषु अपि लोकेषु व्याप्तानि भवन्ति कीदृशानि तानि त्रीणि प्रक्षेपणानि इति चेत् अक्षीयमाणा अक्षीयमाणानि क्षयः न भवति क्षयः न भवति अक्षीयमाणानि सर्वत्र किं भवति इति चेत् वेदे नपुंसकलिङ्गस्य तद् नी इति भवति किल तद् नी निष्कासितं भवति बहुत्र वेदे विश्वा भुवनानि इत्यस्ति तस्य कः अर्थः विश्वानि भुवनानि इति एवमेव पूर्णा इत्यस्ति पूर्णानि इत्येव वैदिकव्याकरणस्य अयम् अंशः छान्दसः प्रयोगः भवति त्रि इति चेत् त्रीणि इत्यर्थः त्रिपूर्णा इति चेत् त्रीणि पूर्णानि अक्षीयमाणा अक्षीयमाणानि इति योजनीयम् एव यतोहि पदानि इत्यस्ति त्रीणि पदानि इति विशेषणमस्ति किल पदानि त्रीणि पदानि पूर्णानि पदानि अक्षीयमाणानि इति योजयामः चेत् तत्र अन्न नो चेत् किं भवति अस्माकं लौकिकव्याकरण अभ्यासेन एतद् स्त्रीलिङ्गे अस्ति पदानि इति तु नपुंसकलिङ्गे अस्ति त्रिपदानि पूर्णापदानि इति न अन्वेति किल इति भवति वस्तुतः नी इति योजने बहुत्र एवं नानावैशिष्ट्यानि सन्ति अग्रेपि भवन्तः पश्यन्ति जनाः इति पुल्लिङ्गे यदा भवति जनासः इति भवति जनासः सः सकारः तत्र योजितः भवति बहुवचने एवं तदपि वयं वैदिकप्रयोगस्य वैशिष्ट्यं वयं द्रष्टुं शक्नुमः अस्तु एतादृशविष्णोः मधुराणि नाम मधुना मधूनि इति मधुरेण पूर्णानि त्रीणि प्रक्षेपणानि नाम किरणरूपाणि विष्णोः किरणरूपाणि अक्षीयमाणानि प्रतिदिनमपि आगच्छन्ति किल विष्णोः किरणानि सूर्यस्य प्रकाशः न क्षीयते प्रति चेन्नैनगरे तु अधिकः एव भवति इतः परम् अक्षीयमाणानि किं कुर्वन्ति इति चेत् स्वधया मदन्ति विष्णोः स्वक्षीयमाणानि एतानि त्रीणि पदानि स्वधया स्वधा शब्दस्य अन्नम् इत्यर्थः अन्नेन मदन्ति मदन्ति इति चेत् मादयन्ति इति भाष्यं मादयन्ति सन्तोषयन्ति इत्यर्थम् अन्नेन प्रीतिमुत्पादयन्ति केषां प्रीतिमुत्पादयन्ति तदाश्रितजनान् विवृणोमि तस्य अर्थं विवृणोमि न अत्र मातरिश्वा न भवति एतद् वदामि विष्णोः त्रीणि पदानि सन्ति तस्य किरणरूपाणि त्रीणि पदानि यानि त्रिषु लोकेषु वर्तन्ते मधुराणि तानि पूर्णानि तानि तेन किं भवति इति चेत् जनानाम् अन्नप्रदानेन सुखं जनयन्ति जनानां सुखं जनयन्ति ಸೂರ್ಯಕಿರಣೇನ ವಿನಾ ಕುತ್ರ ಫೋಟೋಸಿಂಥಸಿಸ್ ನಾಸ್ತಿ ಚೇತ್ ಅಸ್ಮಾಕಂ ಭೋಜನಂ ಕುತ್ರ. ಅತಃ ಅನ್ನೇನ ಸ್ವಧಯ ಜನಾನ್ ತದಾಶ್ರಿತ ಜನಾನ್ ಸಂತೋಷಯಂತಿ. ಏತತ್ ಪ್ರಥಮ ವಾಕ್ಯಂ. ಯಸ್ಯ ತ್ರೀ ಪೂರ್ಣ ಮಧುನ ಪದಾನಿ ಅಕ್ಷೀಯಮಾಣ ಸ್ವಧಯ ಮದಂತಿ. ಅಗ್ರೆ ಅಗ್ರೆ ಚ ಯ ಉ ಇತ್ಯಸ್ಯ ಪುನಃ ಏವ ಇತ್ಯರ್ಥಃ. ಇತ್ ಇತ್ಯಸ್ಯ ಯಥಾ ಏವ ಇತ್ಯರ್ಥಃ ಏವಮೇವ ಉ ಯ ಉ ಯ ಏವ 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 ಅವಧಾರಣೆ ಅವಧಾರಣಾರ್ಥ ಯಹ ಏವ ಪೃಥಿವೀಂ ಭೂಮಿಂ ಯಾಂ ದ್ಯುಲೋಕಂ ಉತ ಯಹ ಪೃಥಿವೀಂ ಉತ ದ್ಯಾಂ ಉತ ಇತಿ ಶಬ್ದಸ್ಯ ಆಲ್ಸೋ ಅಂಡ್ ಇತಿ ಅರ್ಥಃ ಚ ಯಹ ಪೃಥಿವೀಂ ದ್ಯಾಂ ಚ ವಿಶ್ವಾ ಭುವನಾನಿ ಸರ್ವಾಣಿ ಭೂತ ಜಾತಾನಿ ಇತ್ಯರ್ಥಃ. ಅತ್ರ ಸಹ ಏವ ವಿಷ್ಣುಃ ಕಿಂ ಕೃತವಾನ್ ಪೃಥಿವೀಂ ದ್ಯಾಂ ತೇಷು ಲೋಕೇಷು ವಿದ್ಯಮಾನಾನ್ ಸರ್ವಾನಪಿ ಭೂತ ಜಾ ಭೂತಗಣಾನ್. ಭೂತಗಣ ಶಬ್ದಸ್ಯ ಶಿವಸ್ಯ ಭೂತಗಣ ಇತಿ ನ ನಮ ಯೇ ಜನಾಃ ತತ್ರ ವಸಂತಿ ಇತ್ಯರ್ಥಃ. ತಾನ್ ಸರ್ವಾನ್ ಕಿಂ ಕೃತವಾನ್ ಸಹ ವಿಶ್ವಾನಿ ಭೂತಾನಿ ತ್ರಿಧಾತು ತ್ರಿಧಾತು ತ್ರಯಾಣಾಂ ಧಾತೂನಾಂ ಸಮಾಹಾರಃ ತ್ರಿಧಾತು ಪೃಥಿವ್ಯಪ್ತೇಜೋ ರೂಪ ಧಾತುತ್ರಯ ವಿಶಿಷ್ಟಂ ಯಥಾ ಭವತಿ ತಥಾ. ಸಹ ತ್ರಿಧಾತು ದಾಧಾರ ತ್ರಿಧಾತು ದಾಧಾರ ಯಥಾ ದ್ಯುಲೋಕಃ ಯಥಾ ಪೃಥಿವೀಲೋಕಃ ಯಥಾ ಏತೇಷು ಲೋಕೇಷು ವಿದ್ಯಮಾನಾಃ ಸರ್ವೇಪಿ ಜನಾಃ ಸಂತಿ ತಾನ್ ಸರ್ವಾನ್ ಅಪಿ ತ್ರಿಧಾತು ಧಾತುತ್ರಯಯುಕ್ತತಯ ಧಾತುತ್ರಯಯುಕ್ತಾನ್ ಕೃತವಾನ್ ಇತ್ಯರ್ಥ. ದಾಧಾರ ಧೃತವಾನ್ ಧಾತುತ್ರಯ ಸಂಪನ್ನಾನ್ ಕೃತವಾನ್ ಏತಾನ್ ಸರ್ವಾನ್ ಅಪಿ ಧಾತುತ್ರಯ ಸಂಪನ್ನಾನ್ ಕೃತವಾನ್ ಧಾತುತ್ರಯ ಪೂರ್ಣಾನ್ ಕೃತವಾನ್. ಧಾತು ಇತಿ ಶಬ್ದಸ್ಯ ಕಃ ಅರ್ಥಃ ಇತಿ ತದ್ವಕ್ತವ್ಯ. ಅಸ್ಯ ನಾನಾವಿಧ ವಿವರಣಂ ಅಸ್ತಿ. ಧಾತುಃ ಇತಿ ಚೇತ್ ಪೃಥಿವ್ಯ ತೇಜೋ ಧಾತುತ್ರಯ ವಿಶಿಷ್ಟಂ ಪೃಥಿವೀ ಆಪಃ ತೇಜ. ತರ್ಹಿ ಸಾಮಾನ್ಯತಃ ವಯಂ ಪಂಚಧಾತು ವಿಷಯಮೇವ ಜಾನೀಮಃ ಕಿಲ. ಫೈವ್ ಎಲಿಮೆಂಟ್ಸ್ ಇತ್ಯೇವ ಜಾನೀಮಃ. ಎತದ್ ಧಾತುತ್ರಯಮೇವ ಅಸ್ತಿ ಛಾಂದೋಗ್ಯ ಉಪನಿಷತಿ. ಪಂಚೀಕರಣಂ ತ್ರಿವೃತ್ಕರಣಂ ಇತಿ ಸೃಷ್ಟಿ ವಿಷಯೇ ದ್ವಿವಿಧಂ ಉಚ್ಯತೆ. ಪಂಚಭಿಃ ಭೂತೈಃ ಸೃಷ್ಟಿಃ ಏಕಾ ಪ್ರಕ್ರಿಯಾ, ತ್ರಿಭಿಃ ಭೂತೈಃ ಸೃಷ್ಟಿ. ತೇಜಃ ಆಪಃ ಅನ್ನಂ ತೇಜೋಬನ್ನಾನಿ ಇತಿ ವದಂತಿ. ಕಿಂ ಅಸ್ತಿ ಆಕಾಶಃ ವಾಯುಃ ಚ ಸರ್ವತ್ರ ಅಸ್ತಿ ಟೇಕನ್ ಫಾರ್ ಗ್ರಾಂಟೆಡ್. ತೇಜಃ ಆಪಃ ಅನ್ನಮೇವ ಸ್ಥೂಲಂ ಸ್ಥೂಲತ್ವಾತ್ ತೇಷಾಮೇವ ಸಮಾಹಾರಃ ದೃಶ್ಯತೆ ಇತಿ ಕೃತ್ವಾ ಏಕಃ ತ್ರಿವೃತ್ಕರಣ ಪ್ರಕ್ರಿಯಾ ಪ್ರಕಾರಃ ಉಚ್ಯತೆ. ಅನ್ಯಃ ನನ ತದಪಿ ನಥಿಂಗ್ ಇಸ್ ಟೇಕನ್ ಫಾರ್ ಗ್ರಾಂಟೆಡ್. ತದ್ವಯಮಪಿ ಅಂತರ್ಭಾವಿ ಪಂಚೀಕರಣಂ ಇತಿ ವಯಂ ಕುರ್ಮಃ. ತತ್ರ ಕ್ಯಾಲ್ಕುಲೇಷನ್ ಭಿನ್ನಂ ಭವತಿ. ಇದಾನಿಂ ಬಹು ಪಂಚೀಕರಣಮಿತಿ ಶಂಕರಾಚಾರ್ಯಾಣಾಂ ಕಶ್ಚನ ಗ್ರಂಥ ಇವ ವರ್ತತೆ. ಯತ್ರ ತ್ರಿವೃತ್ಕರಣಂ ವದಾಮಃ ಚೇತ್ ತತ್ರ ರೇಷಿಯೋ ಆಫ್ ಡಿಸ್ಟ್ರಿಬ್ಯೂಷನ್ ಆಫ್ ದ ಫೈವ್ ಎಲಿಮೆಂಟ್ಸ್ ಇನ್ ದ ಕ್ರಿಯೇಷನ್ ಭಿನ್ನ ಪ್ರಕಾರೇಣ ಭವತಿ. ಪಂಚೀಕರಣೆ ಏವಮೇವ ತತ್ರ ರೇಷಿಯೋ ಭಿನ್ನಂ ಭವತಿ. ಇದಾನೀಂ ಏತದ್ ಪಾರ್ಥಿವಂ ದೃಶ್ಯತೆ ಮೇಡ್ ಆಫ್ ಎರ್ತ್. ಅತ್ರ ಕಿಂ ಭವತಿ 50% ಎರ್ತ್. ಅವಶಿಷ್ಟ 50% ಇಸ್ ಡಿವೈಡೆಡ್ ಇಂಟು ಫೋರ್ तत्र चतुर्षु भागेषु अन्य एलिमेंट्स भवति यदि पंचीकरणं यदि त्रिवृत्करणं 50% अर्थ अवशिष्ट 50% इज डिवाइडेड इनटू 2 तेजः आपः इत्येवं प्रक्रिया दीर्घ प्रक्रिया तत्र उच्यते अतः त्रिधातु शब्दस्य एवं विशेषः पृथ्वी आपः तेजः इत्येवं एतद् धातुत्रय विशिष्टं कृतवान् इति अथवा अग्रे अपि उच्यते त्रिधातु शब्दस्य कालत्रयम् इत्यपि अर्थः कालत्रयं त्रिधातु शब्दस्य कालत्रयम् इत्यपि स्वीकर्तुं शक्यते त्रिधातु शब्दस्य गुणत्रयम् इत्यपि स्वीकर्तुं शक्यते यथा सर्वाणि भूतानि द्विलोकः पृथ्वीलोकः इत्यादीन् सर्वानपि लोकान् कालत्रये वर्तमानान् कृतवान् इत्यर्थः त्रिधातुशब्दस्य अथवा पृथिव्यप्तेजोरूपधातुयुक्तान् कृतवान् इत्यर्थः अथवा सत्वरजस्तमोगुणयुक्तान् कृतवान् इत्यर्थः अत्र त्रिधातु इति पदमेव मुख्यं तादृशः विष्णुः यः अस्ति सः एवं दाधार य उत्त्रीपूर्णा मधुना पदान्यक्षीयमाणा स्वधया मदन्ति नाम सर्वेपि जनाः अन्नेन सन्तुष्टाः भवन्ति सः पुनः किं कृतवान् सर्वानपि लोकान् तदाश्रितजनान् च त्रिधातु कृतवान् इति अस्मिन् मन्त्रे अंशद्वयम् अन्नं दत्तवान् त्रिधातु कृतवान् इति पञ्चमः दाधार दाधार किमस्ति य उ त्रिधातु पृथिवीम् उत द्याम् एकः दाधार धारणं कृतवान् इत्यर्थः धारणं पोषणं सर्वानपि एतान् लोकत्रयं तदाश्रितजनान् च पोषितवान् इत्यर्थः त्रिधातु सम्पन्नान् कृत्वा पोषितवान् इत्यर्थः अग्रे हा एषः मन्त्रः पुनः यजुर्वेदे अपि अस्ति अतः सस्वरं वक्तुं शक्नुमः तदस्य प्रियमभिपाथो अश्यां नरो यत्र देवयवो मदन्ति कुरुक्रमस्य स हि बन्धुरित्था विष्णोः परे पदे परमे मध्व उत्सः इति अस्य भाष्यं वाचयामि अस्य महतः विष्णोः प्रियं प्रियभूतं तत् सर्वैः सेव्यत्वेन प्रसिद्धं पाथः अन्तरिक्षनामैतत् अविनश्वरं ब्रह्मलोकम् इत्यर्थः अस्यां व्याप्नुयां यत्र स्थाने देवयवः देवं द्योतनस्वभावं विष्णुमात्मनः इच्छन्तः नरः मदन्ति तृप्तिमनुभवन्ति पुनरपि तदेव विशेष्यते उरुक्रमस्य अत्यधिकं सर्वं जगदाक्रममाणस्य तत्तदात्मना अत एव विष्णोः व्यापकस्य परमेश्वरस्य परमे उत्कृष्टे निरतिशये केवलसुखात्मके पदे स्थाने मध्वः मधुरस्य उत्सः निष्यन्दः वर्तते इत्था इत्थमुक्तप्रकारेण स हि बन्धुः सर्वेषां लोकानां सर्वेषां सुकृतीनां बन्धुभूतः हितकरः तस्य पदं प्राप्तवतां न पुनरावृत्तेः इति अत्र विष्णोः पदं प्रार्थ्यते इदानीं वयं कुत्र गन्तुमिच्छामः विष्णोः स्तुतिं कृत्वा इति तदत्र प्रार्थ्यते इदानीं तदस्य प्रियमभिपाथो अस्यां प्रथमभागं स्वीकुर्मः अस्य तदस्य इत्यत्र अस्य इत्यस्ति अस्य इत्यस्य कः अर्थः महतः विष्णोः अस्य विष्णोः प्रियं प्रियभूतं नाम अत्यन्तम् इष्टम् इत्यर्थः विष्णोः एव इष्टं तत् अस्य विष्णोः इष्टं तत् तत् इत्यस्य आरम्भे प्रथमपदमेव तत् तत् सर्वैः सेव्यत्वेन प्रसिद्धं सर्वैः नाम अत्यन्तं सेवनीयं पूजनीयम् इति प्रसिद्धं तदस्ति किं तत् पाथः पाथः विष्णोः प्रियं सर्वैः पूज्यमानं तच्छब्देन वाच्यमानं पाथः इति अस्ति. पाथः इति शब्दस्य कः अर्थः? पाथः इति शब्दस्य अन्तरिक्षम् इति अर्थः. तदपि तमपि अर्थं दत्त्वा अत्र भाष्यकारः विवृणोति ब्रह्मलोकम् इत्यर्थः, अविनश्वरं ब्रह्मलोकम् इत्यर्थः. विष्णोः पाथः अन्तरिक्षम् इति एव यास्कस्य निरुक्तिः तत्र अस्ति. पाथः अन्तरिक्षं पथा व्याख्यातम् इति निरुक्तस्य उल्लेखं कृत्वा पाथशब्दः अन्तरिक्षनामसु गणितमस्ति, गणितः अस्ति. नाम यत्किञ्चित् उत्कृष्टम् इत्यर्थः, अधा विद्यमानं न, यत्किञ्चित् उत्कृष्टम्. विष्णोः एव प्रियभूतं सर्वैः पूज्यमानं पाथः ब्रह्मलोकमस्ति. तत् अस्य प्रियम् अभि पाथः, तद् ब्रह्मलोकम् अहं किं कुर्याम्? अस्यां प्राप्नुयाम्, अहं व्याप्नुयाम्, अहं तत् विष्णोः प्रियभूतं स्थानमहं प्राप्नुयां, ब्रह्मलोकम् अहं प्राप्तः भवेयम् इत्यर्थः. अस्तु, किमर्थं ब्रह्मलोकं गन्तुमिच्छति? किं तत् कीदृशगुणविशिष्टः सः ब्रह्मलोकः? अग्रे उच्यते, नरः यत्र देवयवः मदन्ति, तेन भागेन ब्रह्मलोकस्य वैशिष्ट्यं. किमर्थं तत् प्रियं, किमर्थं तत् प्राप्तव्यं? यत्र यस्मिन् ब्रह्मलोके देवयवः द्योतनस्वभावं विष्णुम् इच्छन्तः, नरः मनुष्याः मदन्ति तृप्तिम् अनुभवन्ति. नाम सः लोकः किमर्थं प्रार्थनीयः इति चेत् तत्र सन्तोषः भवति इति, तत्र आनन्दः, मदन्ति जनाः तत्र, तत्र नरः मदन्ति. पुनः अत्र एकवचन बहुवचन समस्या अस्ति किल इति चेत् समस्या नास्ति. ना नरौ नरः, नृशब्दः नृसिंहः इति वदामः किल, अतः नराः सन्तोषम् अनुभवन्ति. कीदृशनराः तत्र? नाम सः लोकः किमर्थं प्रार्थनीयः? सः सन्तोषप्रदः भवति. केषां सन्तोषप्रदः भवति? ये देवयवः, ये जनाः देवयवः भवन्ति, देवयुः देवयुः देवयू देवयवः इति बहुवचनम्, उकारान्तशब्दः, देवयवः बहुवचनम्. ये जनाः, ये नराः विष्णुमेव प्राप्तुमिच्छन्ति, ते जनाः यत्र तद् लोकं प्राप्य मदन्ति, सन्तोषम् अनुभवन्ति. अतः विष्णोः पदं किमर्थं प्राप्तव्यम् इति चेत् सन्तोषं प्राप्तुं तत् पदं प्राप्तव्यम्. कीदृशजनाः ते इति चेत् यज्ञदानादिकर्म कृत्वा विष्णोः प्रीतिमुत्पाद्य ये सन्तोषं प्राप्तुमिच्छन्ति, तादृशजनाः तत्र सन्तोषम् अनुभवन्ति. अतः सन्तोषप्रदः सः लोकः, तृप्तिप्रदः. अतः अहं तदश्यम्, अतः अहं तं लोकं प्राप्तुम् इच्छेयं, नाम अहं प्राप्नुयाम् इति. तदस्य प्रियमभिपातो अश्यां, नरः यत्र देवयवः मदन्ति इति. अनन्तरं पुनरपि तदेव विशेष्यते, पुनः सः एव लोकः अस्ति किल, तस्यैव विचारः उच्यते. उरुक्रमस्य इति वयं जानीमः, उरु नाम विस्तीर्णं, क्रमणं नाम व्यापकत्वं, विस्तीर्णव्यापकत्वं यस्य अस्ति तादृशस्य विष्णोः उरुक्रमस्य, विष्णोः इति पदमपि तत्रैव अस्ति मन्त्रे, विष्णोः तादृशस्य परमे उत्कृष्टे केवलसुखात्मके निरतिशये पदे स्थाने मध्वः मधुरस्य उत्सः निष्यन्दः वर्तते. किमस्ति इति चेत् तस्मिन् लोके सन्तोषः भवति, ये देवयवः भवन्ति तेषां सन्तोषः भवति, अतः अहं तत्र गन्तुमिच्छेयं. पुनः तस्मिन् लोके कश्चन उत्सः वर्तते, ಉತ್ಸಾಹ ಇದೆ ಚೇತ್ ಊಟ್ರ್ ಊಟ್ರ್ ಊರ್ ಊರ್ ದರ್ ಇಸ್ ಅ ದರ್ ಇಸ್ ಅ ಸ್ಟ್ರೀಮ್ ನಿಷ್ಯಂದ ದರ್ ಇಸ್ ಅ ಸ್ಟ್ರೀಮ್ ಸ್ಟ್ರೀಮ್ ಆಫ್ ವಾಟ್ ಮಧ್ವ ಮಧುರ 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 ಪ್ರವಾಹ ತತ್ರ ಕಶ್ಚನ ಅಸ್ತಿ ತಸ್ಮಿನ್ ಲೋಕೆ ವಿಷ್ಣೋ ಪದೇ ನಮ್ಮ ಪಾಠ ಇತಿ ಯದುಚ್ಯತೆ ತತ್ರ ಮಧ್ವ ಉತ್ಸಾಹ ಅಸ್ತಿ ಮಧುರ ಪ್ರವಾಹ ಕಶ್ಚನ ಅಸ್ತಿ ಕುತ್ರ ಪರಮೇ ಪದೇ ಪರಮ ಪದಂ ಯದಸ್ತಿ ತತ್ರ ಮಧ್ವ ಉತ್ಸಾಹ ಅಸ್ತಿ ಅತ್ಯಂತಂ ಮಧುರ ಪ್ರವಾಹ ಅತ್ರ ಕಿಮರ್ಥಂ ತತ್ರ ಮಧುರ ಪ್ರವಾಹ ಇತಿ ಚೇತ್ ಕೇವಲ ಸುಖಾತ್ಮಕ ಕಿಮರ್ಥಂ ಇತಿ ತತ್ರ ದುಃಖ ಮಿಶ್ರಿತ ಸುಖಂ ನಾಸ್ತಿ ಕೇವಲಂ ಸುಖಮೇವ ತತ್ರ ಲಭ್ಯತೆ ಅನ್ಯದ ತತ್ ನಿರತಿಶಯಮಪಿ ಇನ್ ಅನ್ಲಿಮಿಟೆಡ್ ಅನ್ಲಿಮಿಟೆಡ್ ಅನ್ಅಲಾಯ್ಡ್ ಹ್ಯಾಪಿನೆಸ್ ತದ್ ತತ್ರ ಲಭ್ಯತೆ ಅತಃ ಅಹಂ ತದ್ ಅಶ್ಯಾಂ ತದಸ್ತಿ ಕಿಲ ತದಸ್ಯ ಪ್ರಿಯಮಭಿಪಾತೋ ಅಶ್ಯಾಂ ಅಹಂ ಪ್ರಾಪ್ನುಯಾಂ ಇತಿ ಕಿಮರ್ಥಂ ಪ್ರಾಪ್ನುಯಾಂ ತತ್ರ ಸಂತೋಷಃ ಭವತಿ ಪುನಃ ತತ್ರ ನಿರತಿಶಯಃ ಕೇವಲ ಸುಖಾತ್ಮಕಃ ಮಧುರಃ ಕಶ್ಚನ ಸುಖ ಪ್ರವಾಹಃ ಅಪಿ ಅಸ್ತಿ ಅತಃ ಅಹಂ ತತ್ ಅಶ್ಯಾಂ ಇತಿ ಪುರುಕ್ರಮ ಅನಂತರಂ ಕಸ್ಯ ಸಹ ಲೋಕಃ ಪುರುಕ್ರಮಸ್ಯ ವಿಷ್ಣೋಃ ಯಃ ವಿಷ್ಣುಃ ಅಸ್ತಿ ವಿಸ್ತೀರ್ಣ ಕ್ರಮಃ ತಸ್ಯ ಲೋಕೆ ಏತಾದೃಶ ಸಂತೋಷಃ ಅಸ್ತಿ ಅನಂತರಂ ಇತ್ಥ ಏನ್ ಅನೇನ ಪ್ರಕಾರೇಣ ಸಹಿ ಬಂಧುಃ ಅನೇನ ಪ್ರಕಾರೇಣ ತಾದೃಶ ಮಧುರಯುಕ್ತ ಸುಖಯುಕ್ತ ಸಂತೋಷಯುಕ್ತ ಸ್ಥಾನೇ ಸಹ ವರ್ತತೆ ಜನೈಃ ಸಹ ಕಾಮ್ಯತೆ ಇತಿ ಕಾರಣೇನ ಸ ಹಿ ಬಂಧುಃ ಸಹ ಏವ ಹಿತಕರಃ ಇತಿ ಸರ್ವೇಷಾಂ ಸುಕೃತಿನಾಂ ಸಹ ಹಿತಕರಃ ಹಿತ ಕುತ್ರ ಇತ್ಥಾ ಇತ್ಥಾ ಇತಿ ಚೇತ್ ಇತ್ಥಂ ಅನೇನ ಪ್ರಕಾರೇಣ ಇಪ್ಪಡಿಯಾಹ ಇನ್ ದಿಸ್ ವೇ ಸರ್ವಾಣಿ ಪದಾನಿ ಅತ್ರ ದೃಷ್ಟಾನಿ ಕಿಲ ಉರುಕ್ರಮಸ್ಯ ಸಹಿ ಬಂಧುಃ ಇತ್ಥಾ ವಿಷ್ಣೋಃ ಪದೇ ಪರಮೇ ಮಧ್ವಃ ಉತ್ಸಃ ಅಂತಿಮಃ ಮಂತ್ರಃ ಅನೇನ ಸಮಾಪಯಾಮಃ ಸಮಯಃ ಅಪಿ ಜಾತಃ ಅಧಿಕ ಏವ ಜಾತಃ ಹಾ ವದತು ಹಾ
ಏಕ ಪ್ರಶ್ನಃ
ಹಾ
ಏತದ ವದತಿ ಕಿಲ ಮಧ್ವ ಉತ್ಸಃ ಅಸ್ತಿ ಅನ್ಲಿಮಿಟೆಡ್ ಹ್ಯಾಪಿನೆಸ್ ಅಸ್ತಿ ಕಿಂತು ಏತತ್ ನರ ಚರ್ಮಾತ್ ವಯಂ ನ ಜಾನೀಮಃ ತತ್ರ ಹೂ ಆಕ್ಚುಲಿ ಎಂಜಾಯ್ಸ್ ದಿಸ್ ಹ್ಯಾಪಿನೆಸ್
ಜನಾಃ ನರಾಃ ನರಶಬ್ದಸ್ಯ ಅರ್ಥಃ ಕಃ ದತ್ತಃ ಇತಿ ಚೇತ್ ಯೇ ಯಜ್ಞದಾನಾದಿಕಂ ಕೃತ್ವಾ ಅಗ್ರಿಮ ಜನ್ಮನಿ ತೇ ತತ್ರ ಪ್ರಾಪ್ತುಂ ಇಚ್ಛಂತಿ ತಾದೃಶಂ ತೇಷಾಂ ದ್ಯುಲೋಕಂ ಪ್ರಾಪ್ತುಂ ಇಚ್ಛಂತಿ ವಿಷ್ಣೋಃ ಪದಂ ಅತ್ರ ನಸ್ತಿ ವಿಷ್ಣೋಃ ಪದಂ ಕಿಂಚನ ಉಪರಿ ವರ್ತತೆ ಉತ್ಕೃಷ್ಟಂ ವರ್ತತೆ ಸತ್ಯಲೋಕಾದಿಕಂ ಇತಿ ವಯಂ ಭಾವಯಿತುಂ ಶಕ್ನುಮಃ ತಾದೃಶೇ ಸ್ಥಾನೇ ಕಿಂ ಅಸ್ತಿ ಮಧ್ವ ಉತ್ಸಾಹ ಅಸ್ತಿ ಜನಾಃ ಮದಂತಿ ಯೇ ಪುಣ್ಯಂ ಕೃತವಂತಃ ತೇ ತಾದೃಶ ಲೋಕೇಶು ಮದಂತಿ ಅಥ ವಯಂ ತತ್ ಪ್ರಾಪ್ತುಂ ಇಚ್ಛಾಮಃ ಇತಿ ನ ಅತ್ರ ಕಿಂ ಅಸ್ತಿ ಇತಿ ಚೇತ್ ಅತ್ರ ಪದಂ ಇತಿ ಶಬ್ದಸ್ಯ ಬ್ರಹ್ಮಲೋಕಃ ಇತಿ ದತ್ತಃ ತತ್ರ ಸತ್ಯಲೋಕಃ ಅಸ್ತಿ ಸೈವ ಸತ್ಯಲೋಕಃ ಬ್ರಹ್ಮಲೋಕ ಶಬ್ದೇನಾಪಿ ಉಚ್ಯತೆ ನಾವು ಭೂ ಭುವಃ ಸುವಃ ಮಹಾಜನಃ ತಪಃ ಸತ್ಯಮಿ ತತ್ರ ತಸ್ಮಿನ್ ಲೋಕೆ ಸರ್ವೇಪಿ ಪುಣ್ಯಕರ್ಮಾಣಃ ಜನಾಃ ತತ್ರ ಮಿಲಿತ್ವಾ ನಿವಸಂತಿ ತತ್ರ ತೇಷಾಂ ಸಂತೋಷಃ ಭವತಿ ಇತಿ ಏಕಾ ಪರಿಕಲ್ಪನಾ ಅನಂತರಂ ತತ್ರ ಸಂತೋಷಂ ಅನುಭೂಯ ಬ್ರಹ್ಮಣಾತ್ ಸಹ ತೇ ಸರ್ವೇ ಏಕೀಭವಂತಿ ಅಗ್ರೇ ನಮ್ಮ ಯುಗ ಯುಗ ಅಂತೆ ಆಗತೆ ತೇ ಏಕೀಭವ ಕ್ರಮಮುಕ್ತಿ ಸದ್ಯೋ ಮುಕ್ತಿ ಇತಿ ದ್ವಿಧಾ ಅಸ್ತಿ ಅತ್ರ ಬ್ರಹ್ಮ ಸಮಶ್ನುತೆ ಇತ್ಯಪಿ ಉಪನಿಷತ್ ವದತಿ ಅತ್ರೈವ ಮೋಕ್ಷಂ ಪ್ರಾಪ್ತುಂ ಶಕ್ನುಮಃ ಕುತ್ರಾಪಿ ಉಪರಿ ಗಂತವ್ಯಂ ಇತಿ ನಾಸ್ತಿ ಇತಿ ಏಕಃ ಪ್ರಕಾರಃ ಸಾ ಸದ್ಯೋ ಮುಕ್ತಿ ವಾಮದೇವಾದೀನಾಂ ಅತ್ರೈವ ಮುಕ್ತಿ ಜಾತ ಜ್ಞಾನೋದಯ ಅತ್ರೈವ ಜಾತಃ ಇತಿ ಕಾರಣೇನ ಅನ್ಯೇ ಕೇಚನ ಕಿಂ ಕುರ್ವಂತಿ ಚಿತ್ತಶುದ್ಧಿಂ ಸಂಪಾದ್ಯ ಭೂಃ ಭುವಃ ಸುವಃ ಮಹಃ ಜನಃ ತಪಃ ಸತ್ಯಮಿತಿ ಕ್ರಮೇಣ ಏಕೈಕಂ ಲೋಕಂ ಅತಿಕ್ರಮ್ಯ 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 ಬ್ರಹ್ಮಲೋಕೆ ಅಂತೆ ತೇಷಾಂ ಟರ್ಮಿನಸ್ ತತ್ರೈವ ತತ್ರ ಸ್ಥಿತ್ವಾ ಬಹು ಬಹುಕಾಲಂ ಯಾವತ್ ಸತ್ಯೇ ಸತ್ಯಲೋಕೆ ಭೂತ್ವಾ ತತ್ರ ಸಂತೋಷಂ ಜ್ಞಾನಂ ಚ ಅನುಭೂಯ ಸೃಷ್ಟಿಕ್ರಮೇ ಸಮಾಪ್ತೆ ತೇ ಬ್ರಹ್ಮಣಾ ಸಹ ಏಕೀಭವಂತಿ ಪುನಃ ತೇಷಾಂ ಆವೃತ್ತಿ ನಾಸ್ತ್ಯೇವ. ಅತ್ರ ಪ್ರಾಯಃ ಕ್ರಮಮುಕ್ತೇಃ ಏವ ಅತ್ರ ಉಲ್ಲೇಖ ವರ್ತತೆ. ಏವಂ ಪಂಚಮಃ ಉಪಾಂತ್ಯ ಶ್ಲೋಕಃ ಸಮಾಪ್ತ. ಇದಾನೀಂ ಅಂತಿಮಃ ಮಂತ್ರಃ ತವಾಂ ವಾಸ್ತೂನ್ ಯುಷ್ಮಸಿ ಗಮಧ್ಯೈ ಯತ್ರ ಗಾವೋ ಭೂರಿಶೃಂಗಾ ಅಯಾಸಃ ಅತ್ರಾಹ ತದುರುಗಾಯಸ್ಯ ವೃಷ್ಣಃ ಪರಮಂ ಪದಂ ಅವಭಾತಿ ಭೂರೇಃ ಭೂರಿಹಿ. ಎತಸ್ಯ ಮಂತ್ರಸ್ಯ ಪರಿವರ್ತಿತ ಪದೈಹಿ ಅನ್ಯತ್ರ ಅಸ್ತಿ ಯಜುರ್ವೇದೆ ಅಸ್ತಿ ಅತ್ರಾಪಿ ತಸ್ಯೈವ ಪದಸ್ಯ ವಿಷಯೇ ವಿವರಣಮಸ್ತಿ. ಯಃ ಪರಮಲೋಕಃ ಯಃ ಅಸ್ತಿ ಸಃ ಭಾಷ್ಯಮೇವಮಸ್ತಿ. ಅಹಂ ಕಿಮರ್ಥಂ ಏಕವಾರಂ ಭಾಷ್ಯಂ ಪಠಾಮಿ ಇತಿ ಚೇತ್ ಮಮ ಮನಸ್ಸಿ ಏಕವಾರಂ ತತ್ ಪ್ರವಿಶೇತ್ ನೋ ಚೇತ್ ಅನ್ಯಥಾ ಅರ್ಥಃ ನ ಕಲ್ಪನೀಯ ಕಿಲ ವೇದಸ್ಯ ವಿಷಯೇ. ಹೇ ಪತ್ನೀ ಯಜಮಾನೌ ವಾಂ ಯುಷ್ಮದರ್ಥಂ ತಾ ತಾನಿ ಗಂತವ್ಯತ್ವೇನ ಪ್ರಸಿದ್ಧಾನಿ ವಾಸ್ತೂನಿ ಸುಖ ನಿವಾಸ ಯೋಗ್ಯಾನಿ ಸ್ಥಾನಾನಿ ಗಮಧ್ಯೈ ಯುವಯೋಃ ಗಮನಾಯ ಉಷ್ಮಸಿ ಕಾಮಯಾಮಹೇ ತದರ್ಥಂ ವಿಷ್ಣುಂ ಪ್ರಾರ್ಥಯಾಮಃ ಇತ್ಯರ್ಥಃ. ತಾನೀತ್ಯುಕ್ತಂ ಕಾನೀತ್ಯಃ ಯತ್ರ ಯೇಷು ವಾಸ್ತುಷು ಗಾವಃ ರಶ್ಮಯಃ ಭೂರಿಶೃಂಗಾಃ ಅತ್ಯಂತ ಉನ್ನತ್ಯುಪೇತಾಃ ಬಹು ರಮಣೀಯ ಬಹು ಬಹುವಿರಾಶ್ರಯಣೀಯಃ ವಾ ಅಯಾಸಃ ಅಯಾನ ಅಯನಾಃ ಗಂತಾರಃ ಅತಿವಿಸ್ತೃತಾಃ ಅತಾದೃಶಾಃ ಅತ್ಯಂತ ಪ್ರಕಾಶಯುಕ್ತಾಃ ಅತ್ರಾಃ ಅತ್ರ ಖಲು ವಾಸ್ತ್ವಾಧಾರಭೂತೆ ದ್ವಿಲೋಕೆ ಉರುಗಾಯಸ್ಯ ಬಹುಭಿಃ ಮಹದ್ಭಿಃ ಗಾತವ್ಯಸ್ಯ ವೃಷ್ಣಃ ಕಾಮಾನಾಂ ವರ್ಷಿತುಃ ವಿಷ್ಣೋಃ ತಾದೃಶಂ ಸರ್ವತ್ರ ಪುರಾಣಾದಿಷು ಗಂತವ್ಯತ್ವೇನ ಪ್ರಸಿದ್ಧಂ ಪರಮಂ ಪದಂ ಭೂರಿ ಅತಿಪ್ರಭೂತಂ ಅವಭಾತಿ ಸ್ವಮಹಿಮ್ನಾ ಸ್ಫುರತಿ. ತದೇವ ವಿಶಿಷ್ಟಂ ಸ್ಥಾನಂ ಯದಸ್ತಿ ತದ್ವಿಷಯ ಉಚ್ಯತೆ. ವಾಂ ಇತಿ ಪದಂ ತಾವಾಂ ಇತ್ಯಸ್ತಿ ಕಿಲ. ವಾಂ ಇತಿ ಪದಸ್ಯ ಕಃ ಅರ್ಥಃ ಯುವಯೋಃ ಇತ್ಯರ್ಥಃ. ತತ್ರ ಅಸ್ಮಚ್ಛಬ್ದಸ್ಯ ವಯಂ ದ್ರಷ್ಟುಂ ಶಕ್ನುಮಃ ಯುವಯೋಃ ವಾಂ ಇತಿ. ದ್ವಯೋಃ ದ್ವಿವಚನಂ ಅಸ್ತಿ. ತತ್ರ ವಾಂ ಶಬ್ದೇನ ಕೌ ಉಚ್ಯತೆ ಕೌ ಉಚ್ಯತೆ ಇತಿ ಚೇತ್ ಪತ್ನಿ ಯಜಮಾನೌ. ಪತ್ನಿ ನಮ ಕಶ್ಚಿತ್ ಋತ್ವಿಕ್ ಗಾಯತಿ ಏನಂ ಮಂತ್ರಂ ಹೇ ಪತ್ನಿ ಹೇ ಯಜಮಾನಶ್ಚ ವಾಂ ಯುಷ್ಮದರ್ಥಂ ಯುವಯೋಃ ಕೃತೆ ಇತ್ಯರ್ಥಃ. ಯುವಯೋಃ ಕೃತೆ ತಾ ಪುನಃ ತಾನಿ 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 ಇತಿ ಚೇತ್ ಗಂತವ್ಯತ್ವೇನ ಪ್ರಸಿದ್ಧಾನಿ ಪ್ರಾಪ್ತವ್ಯಾನಿ ತಾನಿ ಪ್ರಾಪ್ತವ್ಯಾನಿ ಕಾನಿ ವಾಸ್ತೂನಿ ತಾ ವಾಸ್ತೂನಿ ಇತ್ಯಸ್ತಿ ಕಿಲ ತಾನಿ ವಾಸ್ತೂನಿ. ಯುವಯೋಃ ಕೃತೆ ತಾನಿ ವಾಸ್ತೂನಿ. ವಾಸ್ತೂನಿ ಇತಿ ಶಬ್ದಸ್ಯ ಕಃ ಅರ್ಥಃ ಸುಖ ನಿವಾಸ ಯೋಗ್ಯಾನಿ ಸ್ಥಾನಾನಿ. ಹೇ ಪತ್ನಿ ಹೇ ಯಜಮಾನಃ ಹೇ ಯಜಮಾನ ಯುವಯೋಃ ಕೃತೆ ತಾನಿ ವಾಸ್ತೂನಿ ತಾನಿ ಸುಖ ನಿವಾಸ ಸ್ಥಾನಾನಿ ಗಮಧ್ಯೈ ಯುವಯೋಃ ಗಮನಾಯ ಗಮಧ್ಯೈ ಯುವಯೋಃ ಗಮನಾಯ ಉಷ್ಮಸಿ ಕಾಮಯಾಮಹೇ ವಯಂ ಇಚ್ಛಾಮಃ. ಯುವಯೋಃ ಉತ್ತಮಾನಿ ಗಂತುಂ ಯೋಗ್ಯಾನಿ ಸುಖ ನಿವಾಸ ಸ್ಥಾನಾನಿ ಭವಂತು ಇತಿ ವಯಂ ಪ್ರಾರ್ಥಯಾಮಹೇ. ವಯಂ ಋತ್ವಿಜಃ ಯೇ ಯಾಗಂ ಕುರ್ಮಃ ಭವತೋಃ ಕೃತೆ ವಯಂ ಭವತಾಂ ಕೃತೆ ಉತ್ತಮಂ ಸ್ಥಾನಂ ವಯಂ ಪ್ರಾರ್ಥಯಾಮಹೇ. ಅಸ್ತು ತಾನಿ ಇತ್ಯುಕ್ತಂ ತದರ್ಥಂ ವಿಷ್ಣುಂ ಪ್ರಾರ್ಥಯಾಮಃ ಇತ್ಯರ್ಥಃ. ಕಂ ಪ್ರಾರ್ಥಯಾಮಃ ವಿಷ್ಣೋಃ ಕಿಲ ಸೂಕ್ತಂ ಅತಃ ವಿಷ್ಣುಂ ಪ್ರಾರ್ಥಯಾಮಃ ಇತಿ. ತಾನಿ ಇತ್ಯುಕ್ತಂ ತಾನಿ ವಾಸ್ತೂನಿ ಇತ್ಯುಕ್ತಂ ತಾನಿ ಶಬ್ದಸ್ಯ ಕಾನಿ ಇತಿ ವಕ್ತವ್ಯಂ. ತತ್ ಸ್ಥಾನಂ ಕೀದೃಶಂ ಇತಿ ವಕ್ತವ್ಯಂ. ತತ್ ತತ್ರ ಉಚ್ಯತೆ ಯತ್ರ ನ ಪ್ರಥಮ ಪಾದಃ ಸಮಾಪ್ತಃ ತಾವಾಂ ವಾಸ್ತೂನಿ ಉಷ್ಮಸಿ ಗಮಧ್ಯೈ ಎತಾವತ್ ಸಮಾಪ್ತಂ. ಇದಾನೀಂ ತಸ್ಯ ಸ್ಥಾನಸ್ಯ ವೈಶಿಷ್ಟ್ಯಂ ಉಚ್ಯತೆ. ಯತ್ರ ನಮ ಯೇಷು ವಾಸ್ತುಷು ಯಾದೃಶ ಸ್ಥಾನೇಷು ಗಾವಃ ಗಾವಃ ವಿಶೇಷಃ ಅತ್ರ ಪಶ್ಯಂತು ಗಾವಃ ಇತಿ ಶಬ್ದಸ್ಯ ಕಃ ಅರ್ಥಃ ಧೇನುಃ ಇತಿ ನ ಅರ್ಥಃ, ರಶ್ಮಿಃ ಇತಿ ಅರ್ಥಃ, ಕಿರಣಾನಿ ಇತಿ ಅರ್ಥಃ. ಅತಃ ವೇದಸ್ಯ ವಿಷಯ ಬಹು ಜಾಗರೂಕೈಃ ಭವಿತವ್ಯಂ. ಗಾವಃ ಡಿಕ್ಷನರಿ ಪಶ್ಯಾಮಿ ತತ್ರ ಕೌ ಇತ್ಯಸ್ತಿ ನ ಗಚ್ಚತಿ ಇತಿ ಗೌಃ ನಮ ಪ್ರಸರತಿ ಇತ್ಯರ್ಥಃ, ಕಿರಣಾನಿ ಇತ್ಯರ್ಥಃ ಅತ್ರ ಭಾಷ್ಯೆ. ಗಾವಃ ರಶ್ಮಯಃ ಅಸ್ಮಾಕಂ ಪುನಃ ಭೂರಿಶೃಂಗಾಃ ಇತ್ಯಪಿ ಅಸ್ತಿ, ಕೊಂಬು ನಿರಯ ಇರುಕು ಅಬ್ಬಿನ ಅರ್ಥಮೂ ಇರುಕು ಪರಂತು ತನ್ನ ಭವತಿ. ಅಧಿಕ ಶೃಂಗಯುಕ್ತಃ ಇತಿ ಅರ್ಥಃ ನ ಅತ್ಯಂತ ಉನ್ನತಿಯುಕ್ತಃ ರಶ್ಮಯಃ ಇತಿ ಅರ್ಥಃ. ತಾದೃಶ ವಾಸ್ತುಷು ತಾದೃಶ ಸುಖ ನಿವಾಸ ಸ್ಥಾನೇಷು ಭೂರಿಶೃಂಗಾಃ ಗಾವಃ. ಭೂರಿಶೃಂಗಾಃ ಇತಿ ಶಬ್ದಸ್ಯ ಶೃಂಗಶಬ್ದಸ್ಯ ಸರ್ವದಾಪಿ ಉನ್ನತಿ ಸೂಚಕತ್ವಂ ಭವತಿ. ಅತ್ಯುನ್ನತಃ ರಶ್ಮಯಃ ಇತಿ. ಅತ್ಯಂತ ಪ್ರಕಾಶಯುಕ್ತಂ ಸ್ಥಾನಂ ಇತ್ಯರ್ಥ. ಯಾನಿ ಸ್ಥಾನಾನಿ ಭವತೋಃ ಕೃತೆ ಹೇ ಪತ್ನಿ ಹೇ ಯಜಮಾನ ಯುವಯೋಃ ಕೃತೆ ಯತ್ ಸ್ಥಾನಂ ವಯಂ ಪ್ರಾರ್ಥಯಾಮಹೇ ತತ್ರ ಭೂರಿಶೃಂಗಾಃ ಗಾವಃ ಸಂತಿ. ನಮ ಅತ್ಯಂತಂ ಉತ್ತಮಃ ರಶ್ಮಯಃ ತತ್ರ ಸಂತಿ ಇತ್ಯರ್ಥಃ ಭಾಷ್ಯೆ. ಅತೇವ ಆಂಗ್ಲ ಟ್ರಾನ್ಸ್ಲೇಷನ್ ಜಾಗರೂಕತೆಯ ಆಶ್ರಯಣೀಯಂ ಇತಿ. ಅತಃ ಅಯಾಸಃ ತಾಹ ರಶ್ಮಯಃ ಯತ್ರ ಭೂರಿಶೃಂಗಾ ಅಯಾಸಃ. ಅಯಾಸಃ ಇತಿ ಚೇತ್ ಅತಿ ವಿಸ್ತೃತಃ ನಮ ಸರ್ವತ್ರ ಪ್ರಸೃತಃ ಇತ್ಯರ್ಥಃ. ನಮ್ಮ ರಶ್ಮಯಃ ಸಂತಿ ಕಿಲ ತಾಹ ಶ್ರೇಷ್ಠಾಃ, ನ ಕೇವಲಂ ಶ್ರೇಷ್ಠಾಃ ಸರ್ವತ್ರ ಪ್ರಸೃತಃ ಅಪಿ ಸರ್ವವ್ಯಾಪಕಃ ಅಪಿ. ತಸ್ಮಿನ್ ಲೋಕೆ ಲೈಟ್ ಓರಿಡತ್ಲ ಮಟ್ಟು ಕಾನ್ಸಂಟ್ರೇಟ್ ಆಗಿರ್ಕಾದ ಸಹ ಲೋಕಃ ಏವ ಪ್ರಕಾಶಮಯಃ ಲೋಕಃ. ಅತ್ಯಂತಂ ಪ್ರಕಾಶಮಯಃ ಅತ್ಯುತ್ಕೃಷ್ಟ ಪ್ರಕಾಶಮಯಃ ಸಹ ಲೋಕಃ ಅಯಾಸಃ. ಅಯಾಸಃ ಇತ್ಯಸ್ಯ ಪದಂ ಅನ್ಯಥಾಪಿ ಚಿತ್ವಾ ವ್ಯಾಸಃ ಇತ್ಯಪಿ ಕೃತ್ವಾ ಅತಾದೃಶಾಃ ಇತಿ ಇನ್ಕಂಪ್ಯಾರಬಲ್ ಇತ್ಯಪಿ ಅರ್ಥಃ ದತ್ತಃ ಅಸ್ತಿ. ವ್ಯಾಸಃ ಇತ್ಯಪಿ ಪದಚ್ಛೇದಃ ಅಯಾಸಃ ಇತ್ಯಪಿ ಪದಚ್ಛೇದಃ. ಅಯಾಸಃ ರಶ್ಮಯಃ ಇತಿ ವದಾಮಃ ಚೇತ್ ಅತಿ ವಿಸ್ತೃತಃ ರಶ್ಮಯಃ ಸರ್ವತ್ರ ವ್ಯಾಪ್ತಃ ಇತಿ. ಯದಿ ವ್ಯಾಸಃ ಇತಿ ಪದಚ್ಛೇದಃ ಅತಾದೃಶಾಃ ಇನ್ಕಂಪ್ಯಾರಬಲ್ ರೇಸ್ ಆಫ್ ಲೈಟ್ ತತ್ರ ಅಸ್ತಿ ತಾದೃಶಂ ವಯಂ ಅತ್ರ ದ್ರಷ್ಟುಂ ನ ಶಕ್ನುಮಃ. ಅತ್ರ ಅಂಧಕಾರಃ ಪ್ರಕಾಶಃ ಮಿಲಿತ್ವಾ ವರ್ತತೆ ತತ್ರ ತಥಾ ನ ಸಂಪೂರ್ಣ ಪ್ರಕಾಶಃ ಏವ ಇತಿ ಜ್ಞಾನಮೇವ ತತ್ರ ಭವತಿ ಬ್ರಹ್ಮಲೋಕಸ್ಯೈವ ಸೂಚನಾ ಎತತ್ ಸರ್ವ. ಅತಾದೃಶಾಃ ಅನಂತರಂ ಅತ್ಯಂತ ಪ್ರಕಾಶಯುಕ್ತಃ ಇತ್ಯರ್ಥಃ. ಅತ್ರಾಃ ಅಗ್ರಿಮ ಭಾಗಃ ತಾವಾಂ ವಾಸ್ತೂನ್ಯುಷ್ಮಸಿ ಗಮಧ್ಯೈ ಯತ್ರ ಗಾವಃ ಭೂರಿಶೃಂಗಾಃ ಅಯಾಸಃ. ಪಶ್ಯತು ಅತ್ರ ಏತದಪಿ ದ್ರಷ್ಟವ್ಯಂ ಏತಾದೃಶಃ ಉತ್ತಮಃ ಲೋಕಃ ಕೇವಲಂ ಪುರುಷಸ್ಯ ನ ಹೇ ಪತ್ನಿ ಇತ್ಯಪಿ ಉಕ್ತಮಸ್ತಿ. ಅತಃ ಸರ್ವೇಷಾಂ ಕುತ್ರಪಿ ಡಿಸ್ಕ್ರಿಮಿನೇಷನ್ ಅಸ್ತಿ ವೇದೇ ಮಹಿಳಾನಾಂ ಅಧಿಕಾರಃ ನಾಸ್ತಿ ಇತ್ಯಾದಿ ವದಂತಿ ಕಿಲ ಕುತ್ರ ಅಸ್ತಿ. ಯಥಾ ಯಜಮಾನಸ್ಯ ತಥಾ ಪತ್ನ್ಯಾಃ ಅಪಿ ಏತಾದೃಶ ಪ್ರಕಾಶಯುಕ್ತ ಸ್ಥಾನಂ ಋತ್ವಿಜಃ ಕಾಮಯಂತೆ. ಏತಂ ತ್ಯಕ್ತ್ವಾ ಸರ್ವದಾ ಮಹಿಳಾ ಭೂಲೋಕೆ ಏವ ಭವೇಯು ತೇಷಾಂ ಪ್ರಕಾಶಸ್ಥಾನಂ ನಾಸ್ತಿ ಏವ ಅಂಧಕಾರಃ ಏವ ಇತಿ ತಥಾ ಸ್ವೀಕರ್ತುಂ ನ ಶಕ್ಯತೆ ವೇದೇ ಸರ್ವೇಪಿ ಅಧಿಕೃತಃ. ವೇದೋಕ್ತ ಫಲಪ್ರಾಪ್ತ್ಯರ್ಥಂ ಸರ್ವೇಪಿ ಅಧಿಕೃತಃ ಇತ್ಯತ್ರ ಏತದೇವ ಪ್ರಮಾಣ ಏತದ್ ಅಯಂ ಭಾಷ್ಯಭಾಗಃ ಪ್ರಮಾಣಭೂತಃ ಅಸ್ತಿ. ಅಗ್ರೆ ಅತ್ರಾಃ ಅತ್ರಾಃ ಇತಿ ಪುನಃ ಮಂತ್ರೇ ಏವ ಅಸ್ತಿ. ಅತ್ರಾಃ ಅತ್ರಾಃ ಇತ್ಯುಕ್ತೆ ಅತ್ರ ಖಲು ವಾಸ್ತ್ವಾಧಾರಭೂತೆ ದ್ಯುಲೋಕೆ ಅಸ್ಮಿನ್ ದ್ಯುಲೋಕೆ ನಮ್ಮ ದ್ಯುಲೋಕಸ್ಯ ವಿಷಯ ಏತತ್ ಸರ್ವ ನಮ್ಮ ದ್ಯೌಃ ಯಾ ವರ್ತತೆ ತತ್ರ ಉರುಗಾಯಸ್ಯ ಜಾನೀಮಃ. ಉರುಗಾಯಸ್ಯ ನಮ್ಮ ಅತ್ಯಂತ ಸ್ತುತ್ಯಸ್ಯ ಪುನಃ ಪುನಃ ವಿಸ್ತರೇಣ ಸ್ತೋತವ್ಯಸ್ಯ ವೃಷ್ಣಃ ತದಪಿ ದೃಷ್ಟವಂತ ಯಃ ಕಾಮಾನಾಂ ವರ್ಷಯಿತ ಅಸ್ತಿ ವಿಷ್ಣುಃ ತಾದೃಶಸ್ಯ ವಿಷ್ಣೋಃ ವಯಂ ಜಾನೀಮಃ ಪರಮಂ ನಿರತಿಶಯಂ ನಮ ಅತ್ಯಂತಂ ವಿಶಿಷ್ಟಂ ಪದಂ ಸ್ಥಾನಂ ಯದಸ್ತಿ ಭೂರಿ ಅತಿ ಪ್ರಭೂತಂ ಅವಭಾತಿ ಸ್ವಮಹಿಮ್ನಾ ಸ್ಫುರತಿ. ಅತ್ರ ವಿಷ್ಣೋಃ ಸಾನ್ನಿಧ್ಯಂ ಅಸ್ತಿ ಇತ್ಯರ್ಥ. ಯತ್ ಅತಿ ಪ್ರಕಾಶಯುಕ್ತಂ ಸ್ಥಾನಂ ರಶ್ಮಿಭಿಃ ಸಮೇತಂ ತತ್ರ ವಿಷ್ಣೋಃ ಅಪಿ ಪದಂ ಅಸ್ತಿ ಇತ್ಯರ್ಥ. ರಶ್ಮಿಃ ವಿಷ್ಣುಃ ನ ಭಿನ್ನೌ, ರಶ್ಮಿಃ ಏವ ವಿಷ್ಣುಃ, ತಥಾಪಿ ಪೃಥಕ್ತಯಾಪಿ ಅತ್ರ ಉಚ್ಯತೆ. ತತ್ ಸ್ಥಾನಂ ಕಸ್ಯ ಸ್ಥಾನಂ ಇದೆ ಚೇತ್ ವಿಷ್ಣೋಃ ಸ್ಥಾನಂ. ಕೀದೃಶಃ ಸಹ ವಿಷ್ಣುಃ ಉರುಗಾಯಃ, ಪುನಃ ಕೀದೃಶಃ ವೃಷ್ಣಃ ನಮ ಯಃ ಕಾಮಾನಾಂ ವರ್ಷಯಿತ ತಾದೃಶಃ ತಾದೃಶಸ್ಯ ಪರಮಂ ಪದಂ ಭೂರಿ ಅತ್ಯಧಿಕಂ ತಸ್ಯ ಸಾನ್ನಿಧ್ಯಂ ವಯಂ ಅನುಭವಿತುಂ ಶಕ್ನುಮಃ. ಕಃ ವಿಶೇಷಃ ಇತಿ ಚೇತ್ ಅಸ್ಮಿನ್ ಲೋಕೆ ಭಗವತಃ ಸಾನ್ನಿಧ್ಯಂ ಅಸ್ಮದಿ ಕಿಂಚಿತ್ ಕಿಂಚಿದೇವ ಅನುಭೂಯತೆ. ಯತೋಹಿ ಅಸ್ಮಾಕ ಅತೇ ಉಚ್ಯತೆ ಭೂಲೋಕೆ ಪುಣ್ಯ ಪಾಪ ಮಿಶ್ರಣ ಯುಕ್ತ ಕರ್ಮ ಅಸ್ತಿ ಇತಿ ಕಾರಣೇನ ಪಾಪವಶಾತ್ ಭಗವತಿ ಅಸ್ಮಾಕಂ ನಿರತಿಶಯ ಭಕ್ತಿ ನ ಭವತಿ ಲೌಕಿಕೈಃ ಭಾವೈಃ ವಯಂ ಪುನಃ ಪುನಃ ಆಕೃಷ್ಟಾಃ ಭವಾಮಃ ಪ್ರಯತ್ನೇನ ಭಗವತ್ಪಾದೇ ಅಸ್ಮಾಕಂ ಮನಃ ಸ್ಥಾಪನೀಯಂ ಭವತಿ ಪುನಃ ತತ್ರ ಗಚ್ಚತಿ. ಪರಂತು ದ್ಯುಲೋಕಾದಿ ಸ್ಥಾನಂ ಯದಾ ವಯಂ ಕ್ರಮೇಣ ಅಸ್ಮಾಕಂ ಪುಣ್ಯಕರ್ಮಣ ತತ್ರ ಪ್ರಾಪ್ನುಮಃ ಅತ್ರ ಅತ್ರತ್ಯ ವಿಕ್ಷೇಪಾಃ ನ್ಯೂನಾಃ ವಿಷ್ಣೋಃ ಭೂರಿ ಪ್ರಭಾವಃ ತತ್ರ ಅನುಭೂಯತೆ. ಭಗವತಃ ಸಾನ್ನಿಧ್ಯಂ ತತ್ರ ಅಧಿಕಂ ಭವತಿ ವಿಕ್ಷೇಪಃ ನ್ಯೂನ ಅತ್ರ ಭೂರಿ ಇತಿ ಪದಂ ವಿಶಿಷ್ಟಂ. ಅತಃ ಕ್ರಮಮುಕ್ತೇಃ ವೈಶಿಷ್ಟ್ಯಂ ಅಂದರೆ ಕ್ರಮೇಣ ಅಸ್ಮಾಭಿ ಉಪರಿ ಗಂತವ್ಯಂ ಯೇನ ಅತ್ರತ್ಯ ಲೌಕಿಕ ಪ್ರಭಾವ ವಿಕ್ಷೇಪ ಪ್ರಭಾವ ನ್ಯೂನಃ ಭವತಿ. ಅತಃ ವಯಂ ಸರ್ವೇ ತಾದೃಶ ವಿಷ್ಣೋಃ ಪದಂ ಪ್ರಾಪ್ತುಂ ವಿಷ್ಣೋಃ ಸಾನ್ನಿಧ್ಯಂ ಪ್ರಾಪ್ತುಂ ಯತ್ರ ಪ್ರಕಾಶಮಯ ರಶ್ಮಯಃ ಭವಂತಿ ತಾದೃಶಂ ಸ್ಥಾನಂ ಪ್ರಾಪ್ತುಂ ವಿಷ್ಣುಂ ಸ್ತುಮಃ ಇತಿ ಏತತ್ ಷಡ್ರಿಚಂ ವೈಷ್ಣವಂ ಸೂಕ್ತಂ. ಅತಃ ವಿಷ್ಣುಃ ಅತ್ರ ಪ್ರಕಾಶೇನ ಸಹ ತೋಲಿತಃ ವರ್ತತೆ. ವಿಷ್ಣುಃ ನಾಮ ಪ್ರಕಾಶ.
ಓಂ ಸಹನಾಭವತು ಸಹನೋ ಭುನಕ್ತು ಸಹ ವೀರ್ಯಂಕರವಾವಹೈ ತೇಜಸ್ವಿನಾಪತೀತಮಸ್ತು ಮಾ ವಿದ್ವಿಷಾವಹೈ. ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿ.